सर्वेषां पाणिनिव्याकरणवर्गं प्रति स्वागतम्। आदौ मङ्गलाचरणं कुर्मः। महोदया, कृपया श्लोकान् स्मारयतु।
येनाक्षरसमान्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। येन धौतागिरः पुंसां विमलैः शब्दवारिभिः तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्।
धन्यवादाः। अस्माकं पाठस्य शीर्षकमस्ति तिङ्सिद्धेः समग्रदृष्टिः, लकाराणाञ्च समग्रदृष्टिः। संस्कृतभाषायां दशलकाराः सन्ति। प्रत्येकं लकारस्य विशिष्ट अर्थः अस्ति। प्रत्येकं लकारः विशिष्टसूत्रेण विहितः भवति। धातुतः दशलकाराः दशभिः सूत्रैः विशिष्ट अर्थैः विधीयन्ते। लकारप्रत्ययाः तृतीयाध्याये विधीयन्ते। लट्टु, लोट्टु, लुट्टु इत्यादयः लकाराः सन्ति खलु। एते लकाराः प्रत्ययाः खलु। लकारप्रत्ययेषु अनुबन्धलोपानन्तरं ला एव अवशिष्यते। लकारस्य स्थाने लस्य इति सूत्रेण अस्माकं विवक्षानुगुणं मूलतिङ्प्रत्ययाः आयान्ति। अष्टादश मूलतिङ्प्रत्ययाः तिबादयः सन्ति खलु, ते मूलप्रत्ययाः लकारस्य स्थाने आयान्ति। इत्युक्ते सर्वेषु लकारेषु आदौ मूलप्रत्ययाः एव आयान्ति, पश्चात् मूलप्रत्ययानां स्थाने विशिष्ट आदेशाः भूत्वा सिद्धप्रत्ययानां निर्माणं भवति। तस्यां दशायां भेदः जायते, तस्मिन् स्तरे एव भेदः आगन्तुं शक्नोति। सिद्धप्रत्ययानां भेदेन एव तिङन्तरूपाणि भिद्यन्ते। दशलकारेषु सिद्धप्रत्ययानां भेदेन तिङन्तरूपाणि भिद्यन्ते। तृतीयाध्याये धातोः परं प्रत्ययानां विधानं भवति। किमर्थं चेत् तृतीयाध्याये धातोः इत्यस्य अधिकारः अस्ति, अतः धातुतः तिङ्प्रत्ययानां विधानं तृतीयाध्याये भवति। उदाहरणार्थं लट् लकारं स्वीकुर्मः चेत् लट् प्रत्ययः धातुतः वर्तमाने लट् इति सूत्रेण धातोः परम् आयाति। लोट् लकारः लोट् च इति सूत्रेण धातोः परम् आयाति। लोट् च इति सूत्रस्य अर्थं वयं दृष्टवन्तः। लट्लकारप्रसङ्गे अनुबन्धवर्णानां लोपकार्यानन्तरं ला अवशिष्यते इति पठितं खलु, तत्र अस्माकं विवक्षानुगुणं लकारस्य स्थाने लस्य सूत्रेण तिबादयः आयान्ति। तिबादयः अष्टादश सन्ति खलु। तिप् इति मूलतिङ्प्रत्ययः, अष्टादशप्रत्ययेषु अन्यतमप्रत्ययः तिप्प्रत्ययः, प्रथमपुरुष एकवचनप्रत्ययः अस्ति खलु। एते अष्टादशमूलप्रत्ययाः लः परस्मैपदम् इति सूत्रेण सर्वे अष्टादशप्रत्ययाः आदौ परस्मैपदसंज्ञकाः भवन्ति। धातोः परं परस्मैपदप्रत्ययः आयाति वा आत्मनेपदप्रत्ययः आयाति वा इति चिन्तनं करणीयं खलु। धातुम् अनुसृत्य तत्र तिङ्प्रत्ययः आयाति, इत्युक्ते धातोः स्वभावम् अनुसृत्य, धातुः कीदृशः, धातोः स्वभावः कः इत्यस्य आधारेण एव धातोः परं परस्मैपदसंज्ञकप्रत्ययः वा अथवा आत्मनेपदसंज्ञकः प्रत्ययः वा आयाति। लः परस्मैपदम् इति सूत्रेण अष्टादशप्रत्ययाः परस्मैपदसंज्ञकाः भवन्ति। अन्यत् सूत्रमस्ति खलु तङ्गानाम् आत्मनेपदम् इति सूत्रं, तङ्गानाम् आत्मनेपदम् इति सूत्रेण तङ् प्रत्ययाः आन प्रत्यये द्वयम् एतौ द्वौ आत्मनेपदसंज्ञकौ भवतः इति पठितं। तत्र लः परस्मैपदं तङ्गानाम् आत्मनेपदम् इति सूत्रद्वयेन पदसंज्ञा दीयते, संज्ञासूत्रद्वयम् इदम्। तत्र लः परस्मैपदं सूत्रेण परस्मैपदसंज्ञा दीयते, तङ्गानाम् आत्मनेपदम् इति सूत्रेण आत्मनेपदसंज्ञा दीयते। तङ् इति प्रत्याहारः अस्ति खलु, तङ् प्रत्ययाः इत्युक्ते आत्मनेपदसंज्ञकप्रत्ययाः, तेषां प्रसङ्गे अनेन सूत्रद्वयेन संज्ञाद्वयं दीयते। किन्तु तत्र संज्ञाद्वयं स्थातुं शक्नोति वा, संज्ञाद्वयं तिष्ठति वा इति प्रश्नः उदेति। तङ् प्रत्ययानां प्रसङ्गे एव तत्र समस्या जायते। एकस्मिन्नेव समये एकस्य शब्दस्य संज्ञाद्वयं सम्भवति वा, संज्ञाद्वयं तिष्ठति वा इति प्रश्नः उदेति। तङ् प्रत्ययानां प्रसङ्गे संज्ञाद्वयं स्थातुं न शक्नोति। किमर्थं चेत् तत् सूत्रद्वयम् आकडारादेका संज्ञा इति सूत्रस्य कार्यक्षेत्रे अस्ति, आकडारादेका संज्ञा इति सूत्रस्य अधिकारे इदं सूत्रद्वयम् अस्ति। लः परस्मैपदम् अपि च तङ्गानाम् आत्मनेपदं सूत्रद्वयम् आकडारादेका संज्ञा सूत्रस्य कार्यक्षेत्रे अस्ति इति कारणतः तेन अधिकारसूत्रेण एका एव संज्ञा एकस्मिन् काले तिष्ठति अपि च परसूत्रेण या संज्ञा उक्ता अस्ति सा संज्ञा एव तिष्ठति सा संज्ञा एव तत्र स्थातुं शक्नोति अत्र लः परस्मैपदमिति पूर्वसूत्रमस्ति तङ्गानाम् आत्मनेपदमिति परसूत्रमस्ति एतत् सूत्रद्वयं सपादसप्ताध्याय्याम् अस्ति सपादसप्ताध्याय्याम् एकम् अन्यत् अधिकारसूत्रमस्ति विप्रतिषेधे परं कार्यम् इति सूत्रमस्ति इदं सूत्रद्वयं सपादसप्ताध्याय्याम् अस्ति इत्युक्ते विप्रतिषेधे परं कार्यं सूत्रस्य अधिकारे अस्ति इति कारणतः परसूत्रस्य बलं भवति परसूत्रं बलवत् भवति विप्रतिषेधे परं कार्यं सूत्रेण अत्र परसूत्रं तङ्गानाम् आत्मनेपदम् अतः तङ्गानाम् आत्मनेपदम् इति परसूत्रेण उक्ता संज्ञा एव तत्र तिष्ठति विप्रतिषेधे परं कार्यम् इति सूत्रम् अग्रे पुनः आयास्यति सूत्राणां बलाबलचिन्तनम् इति करपत्रमस्ति तत्र पुनः आयास्यति विप्रतिषेधः इत्युक्ते समानबलयोः सूत्रयोः सङ्घर्षः इति अर्थः इत्युक्ते समानकाले तुल्यबले सूत्रे इत्युक्ते तुल्यबलसूत्रद्वयम् एकत्र एकस्मिन् स्थले कार्यं कर्तुं सूत्रद्वयम् आयाति चेत् तदा विप्रतिषेधे परं कार्यम् इति सूत्रेण परसूत्रं बलवत् भवति परसूत्रस्य बलं भवति इत्युक्ते परसूत्रस्य कार्यम् एव पूर्वं भवति एतत् सर्वं सपादसप्ताध्याय्यां भवति विप्रतिषेधे परं कार्यम् इति सूत्रस्य अधिकारः सपादसप्ताध्याय्याम् अस्ति अतः तङ्प्रत्ययानाम् आत्मनेपदसंज्ञा एव तिष्ठति तङ्गानाम् आत्मनेपदम् इति परसूत्रमस्ति इत्यतः विप्रतिषेधे परं कार्यम् इति अधिकारसूत्रस्य परिधौ अस्ति इति कारणतः अपि च आकडारादेका संज्ञासूत्रस्य अधिकारे अस्ति इत्यतः परसूत्रेण उक्ता संज्ञा एव तिष्ठति आत्मनेपदसंज्ञा एव तिष्ठति एतत् सर्वं वयं पूर्वस्मिन् वर्गे पठितवन्तः अपि च धातोः परम् आत्मनेपदप्रत्ययः आयाति वा परस्मैपदप्रत्ययः आयाति वा अष्टादशप्रत्ययाः सन्ति किन्तु धातोः परं तिङ्प्रत्ययेषु कः प्रत्ययः आनेतव्यः इति प्रश्नः उदेति कः प्रत्ययः आनेतव्यः इत्यस्य निर्धारणार्थं धातोः स्वभावः कीदृशः धातुः कीदृशः अस्ति इति प्रथमतया निर्णेतव्यं धातोः स्वभावः कीदृशः धातोः स्वभावम् आश्रित्य धातोः परम् आत्मनेपदप्रत्ययः वा अथवा परस्मैपदसंज्ञकप्रत्ययः वा आयाति अन्ततो गत्वा धातोः स्वभावः कः इत्यस्य आधारेण एव धातोः परं प्रत्ययाः आयान्ति धातोः स्वभावम् अवगन्तुं त्रीणि सूत्राणि पठितवन्तः अनुदात्तनित आत्मनेपदं स्वरितनित कर्तृभिप्राये क्रियाफले शेषात् कर्तरि परस्मैपदम् एतेषां त्रयाणां सूत्राणाम् आधारेण धातोः स्वभावम् अवगन्तुं शक्नुमः धातुः आत्मनेपदी वा परस्मैपदी वा इति अवगन्तुं शक्नुमः धातोः स्वभावम् आश्रित्य तस्मात् परं प्रत्ययाः आयान्ति धातूनां स्वभावस्य प्रसङ्गे अपि पूर्वं वयं पठितवन्तः अद्य पुनस्मरणं भवति इदानीं भवन्तः सर्वे करपत्रं पश्यन्तु लघुत्वविषये इत्यस्मात् आरभ्य पठेम नरेश महोदय भवान् पठतु
लघुत्वविषये अत्र प्रश्नः उदेति एकस्य इयं संज्ञा भवतु अन्या संज्ञा न इति निर्धारयितुम् एतादृशी शैली किमर्थम् अन्यत्र अन्या पद्धतिः शेषात् किं किल अत्र प्रश्नः उदेति एकस्य इयं संज्ञा भवतु अन्या संज्ञा न इति निर्धारयितुम् एतादृशी शैली किमर्थम् अन्यत्र अन्या पद्धतिः शेषात् इत्युक्तं किल अत्र दत्तमस्ति कुत्रचित् संज्ञा भवति तत्र एकस्य संज्ञा उपयोगं करोतु अथवा अन्यत् संज्ञा न एतादृशी शैली अस्ति कुत्रचित् शेषात् दत्तमस्ति अत्र उदाहरणं सन्ति त्रीणि सूत्राणि सन्ति अत्तनित् आत्मनेपदम्, स्वरेतनित् नितः कर्त्रभिः प्राय क्रियाफले, शेषात् कर्तरि परस्मैपदं पदम्। अत्र प्रथम तु दत्तमस्ति आत्मनेपदं किम् अस्ति, अनुदात्त इत् संज्ञा भवति चेत् अथवा नित् अस्ति चेत् तत् आत्मनेपदम् अस्ति, स्वरेत इत् संज्ञा भवति चेत् अथवा नित् संज्ञा इत् अस्ति चेत् कर्तृभ्येप्याय तत्र उभयपदी अस्ति। अन्य शेषात् कर्तरि पदी अत्र दत्तमस्ति, किञ्चित् अनुदात्त उभयपदी, अतः अनन्तरं शेषात् परस्मैपदी, तत् किम् अस्ति, अग्रे तस्य दत्तमस्ति। अत्र शेषात् इत्यनेन ये धातवः अवशिष्यन्ते ते सर्वे परस्मैपदसंज्ञकाः इति वसितम्। अत्र एतादृशी शैली किमर्थम्? प्रत्ययानां विषये च अन्या शैली किमर्थम्? अत्र अस्ति परस्मैपदी किम् अस्ति, तत्तु शेषात् अस्ति, परन्तु प्रत्ययानां अहं चिन्तयामि वयं पठितवन्तः आकडारादेकसंज्ञा, तत्र तु तत् शैली नास्ति, तत्र तु संज्ञा किम् अस्ति तत् विप्रतिषेधे परं कार्यं तत् सूत्रेण परं सूत्रम् उपयोगं कुर्मः, तत् अहं चिन्तयामि।
तदेव महोदय, प्रश्नः कः? एकस्य इयं संज्ञा भवतु अन्या संज्ञा न भवतु इति निर्धारणार्थम् एतादृशी शैली किमर्थम्? इत्युक्ते विप्रतिषेधे परं कार्यं सूत्रस्य आवश्यकता किमर्थमस्ति? आकडारादेकासंज्ञा इति सूत्रस्य आवश्यकता किमर्थमस्ति? तिङ्प्रत्ययानां प्रसङ्गे एतादृशी शैली किमर्थमस्ति? अन्येषु स्थलेषु भिन्ना पद्धतिः अस्ति खलु? उदाहरणार्थं धातूनां प्रसङ्गे इमानि त्रीणि सूत्राणि पठितानि खलु, अनुदात्तनित आत्मनेपदं, स्वरितनित कर्तृभिप्राये क्रियाफले, शेषात् कर्तरि परस्मैपदं। सूत्राणां पठनेन धातूनां स्वभावम् अवगन्तुं शक्नुमः। अत्र अन्या पद्धतिः अस्ति, इयं पद्धतिः अत्र किमर्थं नास्ति इति अत्र प्रश्नः अस्ति। अनुदात्तनितात्मनेपदम् इति सूत्रस्य प्रसङ्गे किञ्चित् अवगन्तुं प्रयत्नं कुर्मः। सुन्दरमहोदय, भवान् वदतु, अनुदात्तनितात्मनेपदं सूत्रं किं वदति?
अनुदात्तगित आत्मनेपदम् इति सूत्रम् अनुदात्तगित आत्मनेपदम् एतद् वदति, यदि प्रत्ययः ङित् प्रत्ययः अस्ति अथवा अनुदात्तः अस्ति चेत् आत्मनेपदसंज्ञकः भवति इति एतत् सूत्रं वदति।
साधु महोदय, इतोपि स्पष्टतया अहं वक्तुमिच्छामि। इदं सूत्रं धातोः स्वभावं वदति, कीदृशधातुः आत्मनेपदी धातुः भवति, इत्युक्ते कीदृशधातोः परम् आत्मनेपदसंज्ञकप्रत्ययाः विधीयन्ते इति अनेन सूत्रेण उच्यते। धातुः णित् चेत्, णित् इत्युक्ते उपदेशावस्थायां ण्यकारः इति संज्ञकः यस्मिन् धातोः अस्ति, तादृशधातोः परम् आत्मनेपदसंज्ञकप्रत्ययाः आयान्ति। अपि च धातुः अनुदात्तेत् इति कथनेन अनुदात्तस्वरः इति संज्ञकः अस्ति तस्मिन् धातौ, यस्मिन् धातौ अनुदात्तस्वरः इति संज्ञकः अस्ति अपि च तस्य लोपः इति सूत्रेण तस्य लोपः अपि भवति. इत्युक्ते धातुः अनुदात्तेत् तादृशधातोः परम् आत्मनेपदसंज्ञकप्रत्ययाः आयान्ति. अनुदात्तेत् चेत् नित् चेत् धातोः परम्
आत्मनेपदसंज्ञक
ञकारः इत्युक्ते कख ग घ ञ
सूत्रम् अनुदात्तङ्ता इति नास्ति वा? नकारः दृश्यते.
पश्यतु अत्र अनुदात्तनित
धातुस्य पञ्चमवर्गः खलु?
न न न कवर्गीयपञ्चमवर्णः. धातुः अनुदात्तेत् चेत् आत्मनेपदसंज्ञकप्रत्ययः आयान्ति. धातुः नित् चेत् आत्मनेपदसंज्ञकप्रत्ययः तादृशधातोः परम् आयान्ति. अत्र निकषाद्वयमस्ति, धातुः अनुदात्तेत् अथवा नित् चेत् तादृशधातोः परम् आत्मनेपदसंज्ञकप्रत्ययानां विधानं भवति. अनुदात्तेत् इति कथनेन स्वरवर्णः स्यात्, सः स्वरवर्णः अनुनासिकः स्यात्, अपि च स्वरवर्णस्य अधोभागे रेखा स्यात्. स्वरवर्णस्य अधोभागे रेखा अस्ति चेत् अनुदात्तः, अपि च तस्य उपरि चन्द्रबिन्दुचिह्नमपि स्यात्. तादृशस्वरवर्णस्य इत् संज्ञा भवति चेत् अनुदात्तस्वरवर्णस्य उपदेशजनुनासिक इत् इति सूत्रेण तस्य इत् संज्ञा भवति चेत् सः धातुः अनुदात्तेत् धातुः इति वदामः. तादृश अनुदात्तेत् धातोः परम् आत्मनेपदसंज्ञकप्रत्ययाः विधीयन्ते, अथवा धातुः नित् चेत् आत्मनेपदसंज्ञकप्रत्ययाः आयान्ति. भगिनी भवती वदतु, स्वरितनिते कर्तृभिप्राये क्रियाफले किं वदति?
यस्मिन् धातौ स्वरः स्वरितस्वरः अथवा नित् ञकारः इत् अस्ति तादृशधातुः तद् एकनिकषः अस्ति. अपि च कर्तभिप्राये क्रियाफले इति अपि अस्ति. क्रियायाः फलं यदि कर्तारम् इच्छति तस्मिन् समये धातुः आत्मनेपदिसंज्ञकः भवति इति.
नो चेत्
परस्मैपदसंज्ञकः भवति.
उत्तमं. स्वरितस्वरः इति कथनेन कः अर्थः?
धातोः उपरि दण्डः अस्ति चेत् तादृशधातुः अस्ति, स्वरसहितधातुः अस्ति स्वरितः इति.
उत्तमं. धातौ स्वरितस्वरः स्यात्. स्वरितस्वरः इत्युक्ते स्वरवर्णस्य उपरितनभागे रेखा दृश्यते चेत् स्वरितस्वरः. अपि च सः स्वरः अनुनासिकः अपि अस्ति चेत् स्वरितस्वरस्य इत् संज्ञा भवति. इत्युक्ते उपरि अनुनासिकचिह्नमपि अपेक्षितमस्ति. स्वरितस्वरस्य उपरि चन्द्रबिन्दुचिह्नमपि अस्ति चेत् तदा स्वरितस्वरस्य इत् संज्ञा भवति उपदेशजनुनासिक इत् इति सूत्रेण. सः धातुः स्वरितेत् धातुः. इत्युक्ते धातुः स्वरितेत् चेत् अथवा चवर्गीय अन्तिम अनुनासिकव्यञ्जनं सः वर्णः इत् संज्ञकः अस्ति चेदपि धातुः उभयपदी भवति. किन्तु कदा तत्र आत्मनेपदसंज्ञकप्रत्ययाः आयान्ति इति प्रश्ने सति, धातुः स्वरितेत् चेत् अथवा नित् चेत् क्रियायाः फलं कर्तारं प्रति गच्छति चेत् तदा आत्मनेपदसंज्ञकप्रत्ययः आयाति. क्रियायाः फलं कर्त्रा न प्राप्यते चेत्, कर्तारं प्रति न गच्छति चेत्, क्रियायाः फलं कर्ता न प्राप्नोति चेत् तादृशधातोः परम् परस्मैपदसंज्ञकप्रत्ययाः आयान्ति. इदं सूत्रद्वयम् आत्मनेपदसंज्ञकप्रत्ययानां प्रसङ्गे कार्यं करोति. तृतीयं सूत्रमस्ति शेषात् कर्तरि परस्मैपदम्. शेषात् कर्तरि परस्मैपदम् इति सूत्रस्य प्रसङ्गे नीलं भगिनी भवती वदतु.
शेषात् कर्तरि परस्मैपदम् इति सूत्रं तत्र यत्र धातुः अनुदात्तेत् धातुः अनुदात्तेत् नास्ति, स्वरितेत् नास्ति, ञत् नास्ति, नित् नास्ति, तादृशी धातुः परस्मैपदी तिङ् प्रत्ययः स्वीकरोति.
उत्तमं. यत्र यत्र आत्मनेपदस्य कारणं नास्ति अथवा आत्मनेपदनिमित्तहीनात् यस्मिन् धातौ आत्मनेपदं भवितुं कारणं नास्ति तस्मिन् प्रसङ्गे कर्त्रार्थे. पश्यन्तु सूत्रं, शेषात् कर्तरि परस्मैपदं. कर्तरि इत्युक्ते कर्तरिप्रयोगे एव परस्मैपदसंज्ञकप्रत्ययाः आयान्ति. कर्तरिप्रयोगः नास्ति चेत् किं भवति? भगिनी वदतु।
कर्तरिप्रयोगे नास्ति चेत् तत्र आत्मनेपदी प्रत्ययः आयाति।
उत्तमं। पठ् धातोः रूपं पठति अस्ति, पठ् धातुः परस्मैपदी धातुः, शेषात् कर्तरि परस्मैपदम् इति सूत्रेण परस्मैपदी भवति। शेषात् कर्तरि इति उक्तमस्ति, शेषात् इति उक्तत्वात् आत्मनेपदनिमित्तहीनात् धातोः परं परस्मैपदसंज्ञकप्रत्ययाः आयान्ति। शेषात् इति उक्तत्वात् अवशिष्ट सर्वे धातवः परस्मैपदिनः भवन्ति। भगिन्या उक्तमेव, धातुः अनुदात्तेत् नास्ति, नित् नास्ति, स्वरितेत् नास्ति, इणित् नास्ति, एतत् सर्वं नास्ति चेत् शेषात्, शेषात् इति अस्ति इति कारणतः अवशिष्टाः सर्वे धातवः परस्मैपदिनः भवन्ति कर्त्रार्थे एव इति अर्थः।
प्रश्नः अस्ति अत्र, इति अनुधातनित् आत्मनेपदी, स्वरितेतनित् इति अपि च शेषात् कर्तरि परस्मैपदम्, एते त्रयः त्रीणि सूत्राणि संज्ञासूत्राणि अथवा ते परस्मैपद अपि च आत्मनेपद प्रत्ययस्य विस्तारं करोति? अत्र परस्मैपदी प्रत्ययः अपि सन्ति, धातु अपि परस्मैपदम् इति, तेषां संज्ञा अपि परस्मैपदं संज्ञा भवति।
तत्र प्रथमाध्याये सर्वाणि संज्ञासूत्राणि सन्ति, एतत् प्रथमाध्याये अस्ति, अतः संज्ञासूत्राणि एव चिन्तयामि महोदय।
आधिक्येन संज्ञासूत्राणि सन्ति प्रथमाध्याये।
अनुदातः सरितः रेखा कुत्र भवति? अनुदाते अस्ति चेत्, अनुदातः अस्ति चेत् उपरि भागे वा अधोभागे वा भवति रेखा?
अनुदात्तः इति कथनेन स्वरवर्णस्य अधोभागे रेखा दृश्यते, स्वरितः इति कथनेन स्वरवर्णस्य उपरि भागे एपास्ट्रफी इव दृश्यते, उदात्तः इति कथनेन अधोभागे अपि रेखा नास्ति, उपरि अपि रेखा नास्ति। उत्तमम्। अनुदात्तः इति कथनेन अधोभागे हारिजेण्टल् लैन् अस्ति, स्वरितः इति कथनेन उपरितनभागे वर्टिकल् लैन् अस्ति।
अनन्तरं ये आत्मनेपदम् इति विधीयते वा, विधिसूत्रं वा भगिनि, आत्मनेपदं विधीयते वा? द्वयं सूत्रद्वयम्, एते सूत्राणि, एतानि सूत्राणि विधिसूत्रं भवति वा?
Actually, there is some confusion because when they do the, give the explanation, tatra te kim likhati, tatra saha dhatu atmanepadi ting pratyaha svikaroti, athva saha dhatu parasmaipadi ting pratyaha svikaroti. So that is why I got this question, tatra. It does not say that the dhatu becomes an atmanepadi dhatu or dhatu becomes an parasmaipadi dhatu or ubhaipadi. It says that tadrishi dhatuh atmanepadi ting pratyaha svikaroti athva dhatuh parasmaipadi ting pratyaha svikaroti iti tatra vyakhya asti.
Vidhi sutram eva drushyate va?
It looks like a vidhi sutram.
Sarve chintayantu drushtva itopi samyak vaktum shaknomi. स्वरितने कर्तृभिप्राये इति सूत्रेण धातुः उभयपदी भवति, शेषात् कर्तरि परस्मैपदम् इति सूत्रेण धातुः परस्मैपदी भवति, कर्तरि इति पदम् अस्ति इति कारणतः कर्त्रार्थे अस्ति चेदेव धातोः परं परस्मैपदसंज्ञकप्रत्ययाः आयान्ति, कर्मण्यर्थे अथवा भावार्थे परस्मैपदी न भवति सः धातुः इति सूचनार्थम् एव कर्तरि इति पदम् उक्तमस्ति। कर्मण्यर्थे भावार्थे अस्ति चेत् भावकर्मणोः इति सूत्रेण धातोः परम् आत्मनेपदसंज्ञकप्रत्ययाः आयान्ति। एतावत्पर्यन्तं प्रत्ययानां प्रसङ्गे एतादृशी शैली उक्तमस्ति, इत्युक्ते यः धातुः अनुदात्तेत् नास्ति, नित् नास्ति, स्वरितेत् नास्ति, इणित् नास्ति, एतत् सर्वं नास्ति, शेषात् इति पदम् उक्तत्वात् परस्मैपदिनः भवन्ति, तादृशी शैली तिङ्प्रत्ययानां प्रसङ्गे किमर्थं नास्ति इति अत्र वार्ता अस्ति। एतादृशम् उदाहरणमेव एकम् अन्यत् उदाहरणम् अस्ति। नीलं भगिनी भवती विवृणोतु, तिंशित् सार्वधातुकम् इति एकं सूत्रम् अस्ति, अर्धधातुकं शेषः इति अन्यत् सूत्रम् अस्ति, प्रत्ययानां प्रसङ्गे इदं सूत्रद्वयम् आवश्यकं खलु? एतत् सूत्रद्वयं वयं पूर्वं पठितवन्तः, तत्र कीदृशशैली अस्ति?
महोदय, अहं सुब्रह्मण्यमहोदयस्य करपत्रं दृष्टम् इदानीं, तत्र विधिसूत्रम् इति दत्तमस्ति महोदय।
अस्तु, धन्यवादाः. नीलं भगिनी भवती वदतु, तिङ्क्षित् सार्वधातुकम् अपि च अर्धधातुकं शेषः इति सूत्रद्वयस्य प्रसङ्गे तत्र कीदृशशैली अस्ति?
तत्र तिङ्क्षित् सार्वधातुकं वदामः चेत् धातुभ्यः विहितः प्रत्ययः तिङ् अस्ति अथवा शित् अस्ति चेत् तेषां संज्ञा सार्वधातुकसंज्ञा भवति. अनन्तरं सः वदति अर्धधातुकः शेषः. सो अन्य सर्वे धातुभ्यः विहितः प्रत्ययः ये तिङ्ना शित्ना ते सर्वे धातु तेषां संज्ञा अर्धधातुकसंज्ञा भवति. सो तत्र किमपि तत्र डस् नाट् रिमेन् एनिथिङ्ग् लेफ्ट्. सो ऐ डोण्ट् नो, देट् इस् लघुत्वं विषये. तत्र अन्य सर्वे अर्धधातुकसंज्ञः भवति इति डस् नाट् नो एक्साक्ट्लि.
धातूनां प्रसङ्गे अत्र त्रीणि सूत्राणि दत्त्वा विषयस्य समर्थनं भवति. तिङ्क्षित् सार्वधातुकम् अर्धधातुकं शेषः इति सूत्रद्वयेन अपि अयमेव विषयः उक्तः. तत्रापि एतादृशी शैली एव अस्ति. इत्युक्ते तिङ् प्रत्ययान् विहाय, षित् प्रत्ययान् विहाय, तिङ्क्षित् प्रत्ययान् त्यक्त्वा अन्यशेषप्रत्ययाः अर्धधातुकं शेषः इति सूत्रेण अर्धधातुकसंज्ञकाः भवन्ति. तादृशशैली तिङ् प्रत्ययानां प्रसङ्गे किमर्थं नास्ति इति अत्र प्रश्नः. इत्युक्ते लहपरस्मैपदं तङ्गानाम् आत्मनेपदम् इति सूत्रद्वयस्य विषये भिन्ना शैली स्वीकृता. किमर्थम् आदौ केचन प्रत्ययाः तिङ् प्रत्ययाः परस्मैपदिनः भवन्ति, पश्चात् अन्ये सर्वे प्रत्ययाः आत्मनेपदिनः भवन्ति, एवं रीत्या किमर्थं न उक्तमस्ति, अनया शैल्या किमर्थं न सूचितम् इति अत्र प्रश्नः. अस्य उत्तरम् अग्रिमे परिच्छेदे लिखितमस्ति. नरेश महोदय, भवानेव पठतु.
उत्तरम् एवं यत् यथासङ्गं यस्य लघुत्वं तद् अनुसृत्य शैली. अत्र धातूनां प्रसङ्गे धातवः बहुविधाः. यः कोऽपि धातुः नित् अपि नास्ति, अनुदात्तेत् अपि नास्ति, नित् अपि नास्ति, स्वते अपि नास्ति, सः धातुः कर्त्रर्थे चेत् परस्मैपदी एव. तर्हि धातुः उदात्तेत् अस्ति चेत् परस्मैपदी, किन्तु उदात्तेत् नास्ति चेदपि यदि नित् अनुदात्तेत् नित् स्वरितेत् नास्ति तर्हि सः धातुः परस्मैपदी एव. यथा ऋषं गै, ऋषम् इति उदात्तेत्, गै इति उदात्तेत् न, उभयत्र परस्मैपदत्वम् इति कृत्वा शेषात् इत्यनेन लघुत्वम्. अत्र परस्मैपदीसंज्ञा केषाम् इति वदनार्थम् उदात्तेत् अथवा इत्संज्ञकस्वरः नास्ति चेदपि तथा इत्यस्मिन् लघुत्वं नितराम् इति, तदर्थं शेषात् इत्युक्तम्.
महोदय, अत्र परस्मैपदत्वम् इति पदमस्ति, परस्मैपदित्वम् इति अन्यत् पदं, पदद्वयं भिन्नम् अस्ति इति मम चिन्तनम्. सुन्दर महोदय, भवान् वक्तुमिच्छति वा?
एतत् तदितप्रत्ययः एव विहितः अत्र. अत्र परस्मैपदस्य भावः इत्युक्ते परस्मैपदत्वम् इति भवति. एवं परस्मै पदिनः भावः इत्युक्ते परस्मैपदित्वम् इति भवति. द्वयमपि भावः एव विवृणोति. तदितप्रत्ययः एव द्वयमपि, पदद्वयमपि तदितप्रत्ययः एव विहितः इति मम चिन्तनम्.
साधु. परस्मैपदं भिन्नं, परस्मैपदी भिन्नं. परस्मैपदी इत्यत्र नकारान्तप्रातिपदिकं, परस्मैपदिन् परस्मैपदी धातुः. तादृशप्रातिपदिकं स्वीकुर्मः चेत् त्वा इति तद्धितप्रत्यये परे परस्मैपदित्वम् इति रूपं सिद्ध्यति. किन्तु परस्मैपदम् इति रूपं स्वीकुर्मः चेत् तत्र प्रातिपदिकमस्ति परस्मैपद इति प्रातिपदिकमस्ति. तादृशप्रातिपदिकात् परस्मैपदत्वम् इति रूपं सिद्ध्यति. पदित्वं भिन्नं, पदत्वं भिन्नं पदी इत्यत्र नकारान्तप्रातिपदिकम् अस्ति धातोः विशेषणमेव परस्मैपदी आत्मनेपदी तत्र अलुक्समासः इत्युक्ते पूर्वपदस्य विभक्तिलोपः न भवति परस्मैपदी इत्यत्र चतुर्थीविभक्तिः अस्ति खलु आत्मनेपदी इत्यत्र चतुर्थीविभक्तिः अस्ति खलु साधारणतया समस्तपदेषु पूर्वपदस्य विभक्तिलोपः भवति किन्तु एतेषु पदेषु भिन्नसूत्रैः पूर्वपदस्य विभक्तिलोपः न भवति अलुक्समासस्य प्रसङ्गे इदं पदम् उत्तमम् उदाहरणं भवति अस्तु परस्मैपदित्वं परस्मैपदत्वं तत्र प्रत्ययः अस्ति त्वा त्वा इति प्रत्ययः तद्धित् प्रत्ययः नरेश् महोदय इदानीं वदतु अत्र किम् अस्ति
भगिनि प्रथम पूर्णतया न अवगतं पदम् अपि च पदी किं भिन्ना अस्ति
पदम् इति फलं शब्दवत् अकारान्तप्रातिपदिकम् अस्ति पदम् इति नपुंसकलिङ्गपदं प्रातिपदिकम् अस्ति पद किन्तु पदी इत्यत्र नकारान्तप्रातिपदिकम् अस्ति
परन्तु भेदः कः अस्ति
यस्य आत्मनेपदसंज्ञा अस्ति सः आत्मनेपदी
पुल्लिङ्गशब्दः किल
पुंलिङ्गशब्दः भवति रूपाणि कथं वदामः परस्मैपदी परस्मैपदिनौ परस्मैपदिनः गुणी गुणिनौ गुणिनः एवं रूपाणि भवन्ति तत्र पदं भिन्नं पदी इति भिन्नं पदं शब्दात् पदत्वं पदी शब्दात् पदित्वम्
अस्तु धातुः परस्मैपदी अस्ति अपि च आत्मनेपदी अस्ति परन्तु पदं परस्मैपदम् अथवा आत्मनेपदम् अत्र दत्तम् अस्ति लघुत्वं विषये अपि च शैली अत्र धातुः अनुदात्ते अस्ति अपि च नित् अस्ति चेत् तत् आत्मने स्वरिते अथवा नित् अस्ति चेत् तत् कर्त्रार्थे अस्ति चेत् आत्मनेपदी अस्ति अथवा परस्मैपदी अस्ति परन्तु धातुः उदात्तेत् अस्ति चेत् तत्तु परस्मैपदी अस्ति परन्तु उदात्तेत् नास्ति चेत् अपि यदि तत् नित् अस्ति अनुदात्तेत् अस्ति अपि च नित् अस्ति स्वरितेत् अस्ति तत् अपि परस्मैपदी अस्ति
धातुः उदात्तेत् अस्ति चेदपि परस्मैपदी उदात्तेत् नास्ति चेदपि परस्मैपदी भवति कदा इत्युक्ते नित् नास्ति अनुदात्तेत् नास्ति इणित् नास्ति स्वरितेत् नास्ति एतत् सर्वं नास्ति
एतत् सर्वं नास्ति परन्तु उदात्तेत् अपि नास्ति तत् परस्मैपदी अस्ति तद्दत्तमस्ति यथा उदाहरणम् अस्ति ऋषं गै ऋषं तु उदात्तेत् अस्ति तत्तु परस्मैपदी अस्ति परन्तु गै तत्र किमपि इत्संज्ञा न भवति इति उदात्तेत् न इत्संज्ञा न भवति परन्तु तत् नित् नास्ति अनुदात्तेत् नास्ति नित् नास्ति स्वरित् अस्ति अतः तत् परस्मैपदी अस्ति तद्दत्तम् अस्ति
उत्तमं पूर्वस्मिन् परिच्छेदे पर्यवसितम् इति पदम् अस्ति तत् पदं कीदृशं पदं सुन्दरमहोदय भवान् वदतु
पर्यवसितं ओके परि इति उपसर्गपूर्वक अवसितं अव इति उपसर्गपूर्वक सितः इति धातोः सितः इत्युक्ते सितः इति धातोः ल्युडन्तं ल्युडन्तप्रत्ययं
न परि उपसर्गपूर्वकः अव उपसर्गपूर्वकः कथान्तरूपम् अस्ति पर्यवसित तत्र यण्सन्धिकार्यम् अस्ति सीता इति कथान्तरूपम् अस्ति पठित इव नपुंसकलिङ्गे अत्र दत्तमस्ति पर्यवसितम् अर्थः कः इत्युक्ते कङ्क्लूषन् पर्यवसितम् इति कृतान्तरूपम् अस्ति पर्यवसानं वदतु
पर्यवसानम् इत्युक्ते परि उपसर्गपूर्वक अव उपसर्गपूर्वक पूर्वक ल्युडन्तं ल्युडन्तप्रत्ययं विहितः
पर्यवसानम् इत्युक्ते कङ्क्लूषन् क्रियायाः समाप्तिः अत्र कङ्क्लूषन् दत्तमस्ति शेषात् इति कथनेन ये धातवः अवशिष्यन्ते ते सर्वे परस्मैपदसंज्ञकाः इति कङ्क्लूषन् दत्तमस्ति पर्यवसितम् इत्युक्ते क्तान्तरूपम् अस्ति भूतकालार्थे अस्य प्रयोगः भवति खलु किन्तु पर्यवसानम् इत्यत्र ल्युडन्तम् अस्ति अत्र इतोपि किमस्ति ऋषागै धातुद्वयं दत्तमस्ति ऋषधातोः प्रसङ्गे महोदयेन उक्तमेव अत्र धातुः उदात्तेत् इति उक्तमस्ति महोदय एकवारं विवृणोतु उदात्तेत् नाम किम्
उदात्तेत् उदात्त धातुः अस्ति यत्र अध भागे रेखा नास्ति उपरि भागे रेखा नास्ति अत्र ऋषं तत्र कोऽपि रेखा नास्ति अतः उदात्तधातुः अस्ति शकारोत्तरवर्ति अकारस्य इत्संज्ञा भवति तत् उदात्तत् स्वरः अस्ति तस्य इत्संज्ञा भवति चेत् उदात्तेत् अस्ति
अत्र धातुः उदात्तेत् इत्युक्ते उदात्तस्वरस्य इत्संज्ञा भवति अत्र शकारोत्तरवर्ति अकारः अनुनासिकः अधोभागे चिह्नं नास्ति उपरि भागे अपि चिह्नं नास्ति उच्चैरुदात्तः नीचैरनुदात्तः समाहारः स्वरितः इति सूत्राणि वयं पठितवन्तः नीचैरनुदात्तः इति सूत्रेण अत्र अधोभागे रेखा नास्ति समाहारः स्वरितः इत्यनेन उपरितनभागे रेखा नास्ति अतः उच्चैरुदात्तः इति वक्तुं शक्यते अत्र स्वरवर्णः उदात्तस्वरवर्णः उदात्तस्वरवर्णस्य इति संज्ञा भवति उपदेशे जुनुनासिके इति सूत्रेण अतः उदात्तस्वरस्य इति संज्ञा अस्ति अतः धातुः उदात्तेत् ऋषधातुः उदात्तेत् धातुः उदात्तेत् चेत् तादृशधातोः परं परस्मैपदसंज्ञकप्रत्ययाः आयान्ति प्रथमसूत्रद्वयेन यदुक्तमस्ति तत् अत्र नास्ति ऋषधातोः प्रसङ्गे पूर्वम् उक्तमेव स्वरितेत् नास्ति नित् नास्ति अणित् नास्ति अनुदात्तेत् नास्ति एतत् सर्वं नास्ति किन्तु अत्र किमस्ति उदात्तेत् अस्ति धातुः धातुः उदात्तेत् चेत् परस्मैपदी भवति ऋषधातोः प्रसङ्गे किञ्चित् वक्तुमिच्छामि ऋषधातुः भुवादिगणे अस्ति ऋष् इत्यत्र उपधायां ह्रस्व इक्वर्णः ह्रस्व इकारः अस्ति इति कारणतः भुवादिगणे गुणकार्यं भूत्वा रेषति इति रूपं सिद्ध्यति भुवादिगणे अपि परस्मैपदी एव दिवादिगणे अपि अयं धातुः अस्ति तत्रापि परस्मैपदी एव ऋषधातोः रूपं भुवादिगणे अस्ति चेत् रेषति दिवादिगणे अस्ति तत्र तस्य रूपं ऋष्यति अत्र मुख्यवार्ता का शेषात्र इति सूत्रे उक्तत्वात् अयं धातुः परस्मैपदी भवति एतौ द्वौ धातु परस्मैपदिनौ भवतः गै धातोः प्रसङ्गे किम् अस्ति वदतु
गै धातुः तत्र तु अत्र कोऽपि अकारः गकार उत्तरवर्ति अकारः अनुदात्तः अस्ति परन्तु तत् अनुनासिकः नास्ति अतः तस्य इत्संज्ञा न भवति इत्संज्ञा न भवति चेत् कोऽपि इत्संज्ञा नास्ति उदात्तेत् नास्ति अनुदात्तेत् नास्ति तदपि तत् परस्मैपदी कोऽपि इत्संज्ञा न भवति चेत्
उत्तमम् अत्र इत्संज्ञकस्वरवर्णः नास्ति गकारोत्तरवर्ति यः ऐकारः अस्ति तस्य अधोभागे रेखा अस्ति तस्य अर्थः कः इत्युक्ते अत्र या रेखा अधोभागे दृश्यते गै धातोः प्रसङ्गे या रेखा अधोभागे दृश्यते तेन किमुच्यते वदतु
अनुदात्त अस्ति परन्तु इत्संज्ञा न भवति
गै धातोः अधोभागे या रेखा दृश्यते तेन सः धातुः अनिट् इति वक्तुं शक्नुमः. उपदेशावस्थायां धातौ एकः एव स्वरवर्णः अस्ति, अत्र अनुबन्धवर्णाः न सन्ति, ऐकारः तस्य अधोभागे रेखा अस्ति इति कारणतः एका च उपदेशे अनुदात्तात् इति सूत्रेण गै धातुः अनिट् भवति इति अनेन उच्यते. इत्युक्ते इड् व्यवस्था ज्ञायते अनया रेखया. परिच्छेदस्य सारांशः कः वदतु.
सारांशः अस्ति, अत्र दत्तम् अस्ति किमपि धातुः अनुदात्तेत् अस्ति, नित् अस्ति चेत् तु आत्मनेपदी अस्ति, स्वरितेत् अस्ति चेत् नित् अस्ति चेत् कर्तृर्थे तत् कर्तृर्थे आत्मनेपदी अस्ति, अन्यथा परस्मैपदी अस्ति. तत् तदनुपरान्त शेषात् शेषात् सर्वे परस्मैपदी अस्ति, तत् अनुदात्तेत् अस्ति चेत् अपि नित् अस्ति चेत् स्वरितेत् अस्ति चेत् नित् अपि चेत् तत् तु अस्ति, परन्तु सर्वे अपि उदात्तेत् अस्ति अपि च उदात्तेत् नास्ति चेत् यदि तत् अनुदात्तेत् नास्ति नित् नास्ति नित् नास्ति स्वरितेत् नास्ति तदपि शेष परस्मैपदी अस्ति, उदात्तेत् अस्ति चेत् अपि च उदात्तेत् नास्ति चेत्.
शेषात् इति किमर्थम् उक्तमस्ति?
शेषात् प्रथम तु अनुदात्त अनुदात्तेत् नित् स्वरित स्वरितेत् नित् दत्तम् अस्ति, शेषात् अवशिष्ट सर्वे परस्मैपदी अस्ति, तत् उदात्तेत् अस्ति चेत् अपि च न उदात्तेत् अस्ति चेत् अवशिष्टा सर्वे.
अत्र शेषात् इति कथनेन लघुत्वं सिद्ध्यति, लाघवं सिद्ध्यति. वयं पूर्वं पठितवन्तः खलु श्लोकः अथवा कारिका अस्ति सूत्रलक्षणानि, अल्पाक्षरम् असन्दिग्धं सारवत् विश्वतोमुखम् अस्तोभम् अनवद्यञ्च सूत्रं सूत्रविदो विदुः इति श्लोकः अस्ति. सूत्रं सर्वदा लघु स्यात्, सूत्रे अल्पानि अक्षराणि भवेयुः, सूत्रे लाघवं स्यात्. लाघवार्थं तिङ् प्रत्ययानां प्रसङ्गे भिन्नरीत्या उक्तमस्ति, किन्तु धातूनां प्रसङ्गे लाघवार्थं शेषात् इति कथनेन शेषधातवः सर्वे परस्मैपदिनः भवन्ति इति शेषात् इति कथनेन तत्र लाघवं सिद्ध्यति. किन्तु सर्वत्र तादृशी शैली पालनीया इति नियमः तु नास्ति. तिंशित् सार्वधातुकम् आर्धधातुकं शेषः इत्यत्र यादृशी शैली अस्ति तादृशी शैली सर्वत्र भवतु, अथवा धातूनां प्रसङ्गे सूत्रं यादृशरीत्या उक्तम् अस्ति तादृशी शैली सर्वत्र भवतु इति नियमः तु नास्ति. लाघवार्थम् अत्र भिन्नमार्गः स्वीकृतः. अपि च अग्रे एकं वाक्यं दत्तमस्ति, तस्मिन् वाक्ये सारांशः अस्ति, भवान् एव पठतु.
किन्तु यत्र प्रत्ययाः सन्ति तत्र द्वैविध्यम् एव, अतः तिङ्षु शेषात् तङ् आन च आत्मनेपदम् इत्यस्य अपेक्षया तङ्गानौ आत्मनेपदम् इत्यनेन लघुत्वम्. अत्र तस्य दत्तमस्ति प्रत्ययाः सन्ति चेत् तत्र द्वैविध्यम् अस्ति, तिङ् तिङ्विषये अस्ति तिङ् शेषात् तङ् आन च आत्मनेपदम्, तस्य तत्र दत्तम् अस्ति तङ्गानौ आत्मनेपदम्. तङ्गानौ प्रथम तु लः परस्मैपदम्, तङ्गानौ आत्मनेपदं लघुत्वं वदति, तङ् अपि च आनौ तत् आत्मनेपदम् अस्ति, तत् लघुत्वम् अस्ति चिन्तयामि.
पूर्वं त्रीणि सूत्राणि दत्तानि, तानि सूत्राणि धातूनां प्रसङ्गे वदन्ति, तिङ्प्रत्ययानां प्रसङ्गे केवलं द्वैविध्यम् अस्ति, आत्मनेपदसंज्ञकप्रत्ययाः परस्मैपदसंज्ञकप्रत्ययाः, तिङ्क्षु शेषात् तङ् आन च आत्मनेपदम्, एतत् सर्वं वदामश्चेत् सूत्रं बहु दीर्घं भवति. तङ्गानाम् आत्मनेपदम् इति कथनेन लघुत्वं सिद्ध्यति. यद्यपि तङ्गानाम् आत्मनेपदम् अपि च तिङ्क्षु शेषात् तङ् आन च आत्मनेपदम् इति कथनेनापि अर्थः तु समानः एव, तत्र तङ्गानाम् आत्मनेपदम् इति कथनेन लाघवं सिद्ध्यति. अत्र लघुत्वं, लाघवं, लघुता इमानि त्रीणि पदानि तद्धितप्रत्ययान्तपदानि. लघुत्वं, लघुता इति पदद्वयं तस्य भावस्त्वतलौ इति सूत्रेण तल् प्रत्ययः त्वा प्रत्ययः प्रत्ययद्वयं विहितः भवति. लघुत्वं, लघुता इत्यत्र तस्य भावः इत्यस्मिन् अर्थे त्वा प्रत्ययः तल् प्रत्ययः विहितः भवति. धातूनां प्रसङ्गे यादृशी शैली अस्ति तादृशी शैलीम् उपयुज्य वदामश्चेत् अत्र सूत्रं बहु दीर्घं भवति. तथा मास्तु इति मत्वा एवं सूत्रं रचितम् अस्ति.
वक्तुं शक्यते वा?
वदतु.
द्वैविध्यम् इति पदमपि तद्धितप्रत्ययमेव किल, द्विविधस्य भावः द्वैविध्यम् इति तदपि तद्धितप्रत्ययः एव किल.
उत्तमम्. श्यै इति प्रत्ययः अस्ति, तद्धितप्रत्ययान्तपदेषु आदिम अचुवर्णस्य वृद्धिः भवति, तद्धितेषु अचाम् आदेः इति सूत्रमस्ति. द्विविध इति प्रातिपदिकं स्वीकृत्य तद्धितप्रत्ययस्य योजनेन द्वैविध्यं मधुरस्य भावः माधुर्यम् इव. लघुत्वप्रसङ्गे वयं पूर्वं किं ज्ञातवन्तः? अर्थमात्रालाघवेन पुत्रोत्सवं मन्यन्ते वैयाकरणाः. अत्र पाणिनेः आशयः तु लघुत्वसिद्धिः, लघुत्वस्य साधनार्थम् एवं सूत्रं रचितमस्ति. तिङ्क्षु शेषात् तङ् आन च आत्मनेपदम् एतत् सर्वं कथनेन सूत्रं बहु दीर्घं भवति. लघुत्वविषये अवधानं दत्वा तङ्गानाम् आत्मनेपदम् इति सूत्रं पाणिनिना विरचितम्. मात्रालाघवं सिद्ध्यति अनेन, तङ्गानाम् आत्मनेपदम् इति कथनेन मात्रालाघवं सिद्ध्यति इति विचिन्त्य एवं सूत्रं रचितवान् पाणिनिः. अग्रे पुरुषवचनविधिः. नरसिंहहेग्डेमहोदय, भवान् पठतु.
पुरुषवचनविधिः. विवक्षायां प्रथमपुरुषः, मध्यमपुरुषः, उत्तमपुरुषः, एकवचनं, द्विवचनं, बहुवचनं च प्रत्ययाः विहिताः. सूत्राणि च इमानि: लिङ्गस्त्रीणि त्रीणि प्रथममध्यम उत्तमाः, प्रथमे अध्याये चतुर्थपादे एकोत्तर एकशतं, तान्येकवचन द्विवचन बहुवचनान्येकशः, प्रथमाध्याये चतुर्थपादे द्वित्तरम् एकशतम्, युष्मदुपपदे समानाधिकरणे स्थानिन्यपि मध्यमः, प्रथमाध्याये चतुर्थपादे पञ्चोत्तर एकशतम्, अस्मदुत्तमः प्रथमाध्याये चतुर्थपादे सप्तोत्तर एकशतम्, शेषे प्रथमः प्रथमे अध्याये चतुर्थपादे अष्टोत्तर एकशतं सूत्रम्. पञ्चसूत्राणि सन्ति. प्रथमं सूत्रं वदति तिङ्गश्रीणि श्रीणि प्रथममध्यम उत्तमाः. तिङ् प्रत्ययेषु त्रीणि 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 प्रत्यय समूहः अस्ति. प्रथमत्रीणि तिप्तस्जि यत् अस्ति प्रथमपुरुष, पुरुष इति न उक्तमस्ति, अतः प्रथम इति एव उक्तमस्ति, प्रथमपुरुषप्रत्यये अस्ति इति चिन्तयामि. अनन्तरं द्वितीयत्रीणि तिप्तस्जि तिप्तस्थ तत् मध्यमपुरुष कृते अस्ति. अनन्तरं मिप्पस्मस् अन्तिमत्रीणि अन्तिमत्रयसमूह उत्तमपुरुष कृते अस्ति इति एतत् सूत्रं वदति. तिङ्गस्त्रीणि त्रीणि प्रथममध्यम उत्तमः.
अत्र पदविच्छेदं कुर्मः चेत् तिङ्गः त्रीणि त्रीणि प्रथममध्यम उत्तमाः इति पदानि सन्ति. तिङ्गः इति षष्ठी एकवचनरूपम् अस्ति. तिङ् इति हलन्तशब्दः. तिङ् तिङ्गौ तिङ्गः एवं रूपाणि भवन्ति. तिङ्गः इति षष्ठी एकवचनरूपम् अस्ति. तिङ्गस्त्रीणि तत्र विसर्गसन्धिकार्यम् अस्ति. तिङ्गः त्रीणि त्रीणि प्रथम मध्यम उत्तमाः. त्रीणि इति प्रथमा बहुवचनं, त्रीणि इति पुनः प्रथमा बहुवचनं, प्रथम मध्यम उत्तमाः इति प्रथम बहुवचनम् अस्ति. तिङ्गस्त्रीणि त्रीणि प्रथम मध्यम उत्तमाः इति सूत्रेण किमुच्यते? यद्यपि अस्मिन् सूत्रे पुरुषः इति न उक्तम् अस्ति, अष्टादशतिङ्गप्रत्ययानां विभागत्रयं कृतमस्ति. परस्मैपदसंज्ञकप्रत्ययाः नवप्रत्ययानां विभागः अस्ति. प्रथमतया तिप् तस् झि एतेषां प्रथमः इति संज्ञा दीयते. सिप् थस् थ एतेषां कृते त्रयाणां कृते मध्यमः इति संज्ञा दीयते. सिप् थस् थ इति त्रयः प्रत्ययाः मध्यमपुरुषप्रत्ययाः. मिप् वस् मस् एते त्रयः प्रत्ययाः उत्तमपुरुषप्रत्ययाः. इत्युक्ते मिप् वस् मस् एतेषां त्रयाणाम् उत्तमः इति संज्ञा दीयते. प्रथमतया परस्मैपदसंज्ञकप्रत्ययानां विभागं कृतमस्ति प्रथमपुरुषप्रत्ययाः. अग्रिमत्रयः प्रत्ययाः मध्यमपुरुषप्रत्ययाः, त्रयः उत्तमपुरुषप्रत्ययाः. पश्चात् आत्मनेपदसंज्ञकप्रत्ययाः आयान्ति खलु, त आतां झ इति प्रत्ययानां कृते प्रथमः इति संज्ञा दीयते. थास् आथां द्वं तेषां कृते मध्यमः इति संज्ञा दीयते. इड् वहि महिन् इति त्रयः प्रत्ययाः सन्ति खलु, तेषां कृते उत्तमः इति संज्ञा दीयते. नवपरस्मैपदसंज्ञकप्रत्ययानां त्रयः विभागाः भवन्ति. पश्चात् नव आत्मनेपदसंज्ञकप्रत्ययानां प्रसङ्गे अपि त्रयः विभागाः भवन्ति. इत्युक्ते अनेन सूत्रेण त्रयः पुरुषाः जायन्ते इति वक्तुं शक्यते. अस्मिन् सूत्रे तु पुरुषः इति न उक्तमस्ति, किन्तु अनेन सूत्रेण अष्टादश तिङ्प्रत्ययानां विभागः कृतः. प्रथमनवप्रत्ययाः परस्मैपदसंज्ञकप्रत्ययाः कथम् इत्युक्ते प्रथमपुरुषप्रत्ययाः, मध्यमपुरुषप्रत्ययाः, उत्तमपुरुषप्रत्ययाः एवं विभागः कृतः. तस्मात् परम् आत्मनेपदसंज्ञकप्रत्ययानां प्रसङ्गे विभागः अत्र दृश्यते. तिङ्गस्त्रीणि त्रीणि प्रथम मध्यम उत्तमाः. अस्य सूत्रस्य आधारेण निर्मितम् एकम् अन्यत् सूत्रम् अहं जानामि, तस्मिन् प्रसङ्गे किञ्चित् वदामि. लोट्लकारप्रसङ्गे एकं सूत्रम् आयाति, आडुत्तमस्य पिच्च, आट् उत्तमस्य पिच्च. इत्युक्ते तत्सूत्रं लोट्लकारे कार्यं करोति, उत्तमपुरुषप्रत्ययानां प्रसङ्गे एव कार्यं करोति. अस्य सूत्रस्य आधारेण एव खलु प्रथमपुरुषप्रत्ययः, मध्यमपुरुषप्रत्ययः, उत्तमपुरुषप्रत्ययः इति विभागः कृतः. आडुत्तमस्य पिच्च इति सूत्रम् अस्य सूत्रस्य आधारेण एव निर्मितमस्ति. तत् सूत्रम् उत्तमपुरुषप्रत्ययानां प्रसङ्गे एव कार्यं करोति. लोट्लकारे उत्तमपुरुषप्रत्ययानां प्रसङ्गे आट् आगमः भवति इति तेन सूत्रेण उच्यते. लोट्लकाररूपं क्रूधातोः रूपं करवाणि, करवाव, करवाम इति त्रीणि रूपाणि सन्ति. क्रूधातोः लोट्लकारप्रसङ्गे उत्तमपुरुषरूपेषु आट् आगमः भवति. तस्मिन् सूत्रे उत्तमस्य इति पदम् उक्तमस्ति, इत्युक्ते उत्तमपुरुषप्रत्ययानां प्रसङ्गे एव आट् आगमः भवति. एतावत्पर्यन्तं प्रथमपुरुष, मध्यमपुरुष, उत्तमपुरुषप्रत्ययानां विभागः दृश्यते. अग्रिमसूत्रेण वचननिर्देशः भवति. महोदय, भवान् वदतु.
तत्र त्रीणि 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 समूह यत् वयं स्वीकृतं तिप्तस्जि, तत्र तानि एकवचन द्विवचन बहुवचन इति अन्वयति. तत्र प्ति इति एकवचनस्य कृते भवति, तस् इति तानि एकवचनं, द्विवचनं, बहुवचनम् अन्येकश. तानि एकवचनकृते ति भवति, द्विवचनकृते त भवति, तस् भवति, जि इति बहुवचनकृते भवति इति एतत् सूत्रं वदति. तानि इत्युक्ते तत् तिङ्गस्त्रीणि त्रीणि त्रीणि त्रयसमूह यत् वयं स्वीकृतं, तत्र तानि एकवचनं, द्विवचनं, बहुवचनं, तत् निर्देशं करोति एतत् सूत्रम्.
अनेन सूत्रेण वचनसंज्ञा दीयते, इत्युक्ते एकवचनसंज्ञा, द्विवचनसंज्ञा, बहुवचनसंज्ञा दीयते. तानि एकवचन द्विवचन बहुवचनान्येकषः इत्यत्र पदविच्छेदं कुर्मः चेत् तानि प्रथमा बहुवचनरूपमस्ति, तत्ते तानि एकवचन द्विवचन बहुवचनानि इति प्रथमा बहुवचनरूपमस्ति, एकषः इति अव्ययपदमस्ति. तान्येकवचन इत्यत्र यण्सन्धिकार्यमस्ति, तानि योगः एकवचन, तान्येकवचन इत्यत्र यण्सन्धिकार्यमस्ति. यथा महोदयेन उक्तं तिङ्गस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः इति सूत्रेण ये ये तिङ्प्रत्ययाः उक्ताः, इत्युक्ते प्रथमपुरुषप्रत्ययाः, मध्यमपुरुषप्रत्ययाः, उत्तमपुरुषप्रत्ययाः, ये ये तिङ्प्रत्ययाः उक्ताः, तेषां वचनसंज्ञा दीयते. वचनान्येकषः इत्यत्रापि यण्सन्धिकार्यमस्ति. वचनानि योगः एकषः इत्यत्र वचनान्येकषः इति यण्सन्धिकार्यमस्ति. तिङ्गस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः इति सूत्रेण ये ये प्रत्ययाः उक्ताः तेषां कृते एकवचनसंज्ञा द्विवचनसंज्ञा बहुवचनसंज्ञा दीयते अनेन सूत्रेण. इत्युक्ते पूर्वोक्तानां तिङ्प्रत्ययानां प्रसङ्गे त्रिषु पुरुषेषु एकवचनसंज्ञा द्विवचनसंज्ञा बहुवचनसंज्ञा दीयते. आहत्य अत्र सारांशः कः? अनेन सूत्रेण वचनसंज्ञा दीयते तिङ्प्रत्ययानाम् इति वार्ता. तान्येकवचन द्विवचन बहुवचनान्येकषः इति लिखितमस्ति खलु. अस्य सूत्रस्य आधारेण एकम् अन्यत् सूत्रं मम स्मरणे आयाति. केवलं द्विवचनप्रसङ्गे एव तत् सूत्रं वदति. द्विवचन विभज्योपपद तरबीयसुनौ इति सूत्रमस्ति. तत् सूत्रं कुत्र आयाति इत्युक्ते इयसुन् इति एकः प्रत्ययः अस्ति. पदार्थद्वयम् अस्ति चेत् द्वयोः पदार्थयोः एकः पदार्थः अतिशयेन उत्कृष्टः. इत्युक्ते द्वयोः पदार्थयोः मध्ये यत्र तुलना भवति
श्रेयः श्रेयान् श्रेष्ठः तत्र श्रेयान् इति इयसुन् प्रत्ययः किल.
उत्तमम्. द्विवचन विभज्योपपद तरबीयसुनौ इति सूत्रेण इयसुन् प्रत्ययः विहितः भवति. इत्युक्ते इदं सूत्रं विधिसूत्रमस्ति. इत्युक्ते यत्र यत्र पदार्थद्वयम् अस्ति द्वयोः पदार्थयोः मध्ये तुलना यत्र भवति तत्र एकः पदार्थः द्वयोर्मध्ये अतिशयेन उत्कृष्टः इति यदा वयं वक्तुमिच्छामः तस्मिन् प्रसङ्गे इयसुन् प्रत्ययः विहितः भवति. तत् सूत्रमस्ति विधायकसूत्रं विधिसूत्रमस्ति. महोदयेन श्रेयान् इति पदम् उक्तमस्ति. अहम् अन्यत् पदं वदामि. गरीयसी इति पदम् इयसुन् प्रत्ययान्तपदमस्ति. जननी जन्मभूमिश्च स्वर्गादपि गरीयसी इति रामायणात् उद्धृतं वाक्यमस्ति. भवद्भिः श्रुतमेव. जननी गरीयसी जन्मभूमिः गरीयसी. जननी इत्यस्य विशेषणं भवति. इयसुन् प्रत्ययान्तपदानि त्रिषु लिङ्गेषु सम्भवन्ति. गरीयः इति नपुंसकलिङ्गे भवति. गरीयः पटीयः लघीयः श्रेयः इत्यादीनि पदानि नपुंसकलिङ्गपदानि. पुंलिङ्गे कथं भवन्ति रूपाणि? गरीयान् श्रेयान् पटीयान् लघीयान् ईदृशानि पदानि पुंलिङ्गे भवन्ति. स्त्रीलिङ्गे गरीयसी पटीयसी लघीयसी श्रेयसी एवं रूपाणि भवन्ति. इयसुन् प्रत्ययान्तप्रसङ्गे द्विवचन इति पदं तत्र आयाति. तृतीयं सूत्रमस्ति
भगिनि अत्र तरबीयसुनौ इति तरबीय इति अर्थः किम्?
तरप् इति एकः प्रत्ययः अस्ति खलु. यत्र यत्र पदार्थद्वयमस्ति तत्र तरप्रत्ययः अपि भवितुं शक्नोति, इयसुन् प्रत्ययः अपि भवितुं शक्नोति.
इष्टं प्रत्ययः इष्टं प्रत्ययः तमप्रत्ययस्य समानप्रत्ययः किल.
उत्तमं. पदार्थद्वयम् अस्ति, द्वयोः एकः पदार्थः अतिशयेन मधुरम् अस्ति इति कृत्वा मधुरतरं. बहवः पदार्थाः सन्ति चेत् तत्र तमप् इति प्रत्ययं योजयामः, नो चेत् इष्टन् प्रत्ययः अपि योजयितुं शक्नुमः. यथा महोदयेन उक्तं तमप् प्रत्ययः अपि च इष्टन् प्रत्ययः समानार्थकप्रत्ययौ तौ द्वौ. एवमेव तरप् प्रत्ययः इयसुन् प्रत्ययः एतौ द्वौ समानार्थकौ. अग्रिमं सूत्रमस्ति युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः. नरसिंहहेग्डेमहोदय कृपया वदतु.
महोदय, युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः एतत् मध्यमपुरुष कृते अस्ति. अत्र युष्मदुपपदे इत्युक्ते अत्र इत्त्वं युवां यूयम् इति उपपदमस्ति. तत्र तस्य प्रत्ययस्य प्रत्ययेन समानाधिकरणं भवति. यदा उक्तं वा उक्तं तदा यदि त्वम् इत्युक्ते पठसि आयाति प्रत्ययः, तत्र सि आयाति. एतत् प्रथमप्रत्ययः अस्ति. अनन्तरं युवाम् इत्युक्ते यदि वदामः चेत् तत्र थः आयाति. यदि यूयं यदि वदामः चेत् तत्र बहुवचनप्रत्ययः आयाति, तत्र थ इति. तत्र स्थानिन्यपि युष्मदुपपदे समानाधिकरणे स्थानिन्यपि मध्यम द्वितीय समूहः अस्ति तस्य कृते अस्ति एतत् सि थः थ तस्य कृते युष्मद् उपपदे युष्मद् यदि प्रयोगं कुर्मः वयं युष्मदुपपदस्य तत्र ए प्रत्यय उपयोगं करणीयम् इति अस्ति समानतिकट् इति चिन्तयामि अहं.
धन्यवादः महोदय. पदविच्छेदं कुर्मः चेत् युष्मदि युष्मदि उपपदे तत्र सन्धिकार्यम् अस्ति. युष्मद्युपपदे इति यण् सन्धिकार्यम् अस्ति. युष्मदि इति युष्मत् शब्दस्य सप्तमीविभक्तिरूपम् अस्ति. युष्मद् इति प्रातिपदिकम् अस्ति. सप्तमीरूपं युष्मदि उपपदे इति अपि सप्तमी एकवचनं. समानाधिकरणे इति अपि सप्तमी एकवचनं. स्थानिनि इति अपि सप्तमी एकवचनम् अस्ति. अपि अव्ययं मध्यमः इति प्रथम एकवचनं. युष्मदि उपपदे समानाधिकरणे स्थानिनि अपि मध्यमः. अस्मिन् सूत्रे सतिसप्तमीप्रयोगः अस्ति. युष्मदि उपपदे समानाधिकरणे इत्यत्र सतिसप्तमीप्रयोगः अस्ति. समानाधिकरणं नाम किम् इत्यपि ज्ञातव्यम्. समानम् अधिकरणम् उपपदम् इति कीदृशं पदम्? उपकृष्णम् इव. उपपदम् इत्युक्ते समीपस्थं पदम्. उपकृष्णम् इत्युक्ते कृष्णस्य समीपम्. तस्मिन् पदे अव्ययीभावसमासः अस्ति उपकृष्णम् इत्यत्र. एवमेव उपपदम् इत्यत्रापि अव्ययीभावसमासः अस्ति. उपपदे इति सप्तमी विभक्तिः अस्ति. सूत्रार्थः कः इति प्रश्ने सति, युष्मत् उपपदेन तिङ् प्रत्ययस्य समानाधिकरणं यत्र उच्यते तत्र मध्यमपुरुषवाचिनः प्रत्ययाः आयान्ति. युष्मत् उपपदेन तिङ् प्रत्ययस्य समानाधिकरणं यत्र भवति तत्र मध्यमपुरुषवाचिनः प्रत्ययाः आयान्ति. युष्मत् इति पदं प्रयुक्तं चेदपि मध्यमपुरुषप्रत्ययाः आयान्ति. युष्मत् इति पदं नास्ति चेदपि मध्यमपुरुषप्रत्ययाः आयान्ति. त्वं पठसि इति वदामि चेत् तत्र त्वम् इति कर्तृपदम् उक्तमस्ति. कर्ता उक्तः त्वं पठसि इत्यत्र. एकम् अन्यत् वाक्यं वदामि, किमर्थं पठसि. किमर्थं पठसि इत्यत्र कर्ता न उक्तः. तथापि तत्र अध्याहरणं कृत्वा वयम् अवगन्तुं शक्नुमः. युष्मत् इति उपपदेन यत्र तिङ् प्रत्ययस्य समानाधिकरणम् अस्ति तत्र मध्यमपुरुषवाचिनः प्रत्ययाः आयान्ति इति वदामश्चेत् युष्मत् इति पदं नास्ति चेदपि मध्यमपुरुषप्रत्ययाः आयान्ति. किमर्थं पठसि इति वदामश्चेत् तत्र केवलं पठसि इति पदस्य दर्शनेन एव वयम् अवगन्तुं शक्नुमः. तत्र तिङ् प्रत्ययस्य समानाधिकरणम् अस्ति इति कारणतः युष्मत् शब्दः नास्ति चेदपि वयम् अवगन्तुं शक्नुमः. मध्यमपुरुषप्रत्ययानां प्रसङ्गे इदं सूत्रं कार्यं करोति. युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः. अत्र समानाधिकरणम् इति पदं दत्तमस्ति खलु. अस्य कृते एकम् उदाहरणं वदामि. उन्नतवृक्षः इति एकं समस्तपदमस्ति. उन्नतः च सः वृक्षः च इति विग्रहवाक्यं वक्तव्यं भवति. तत्र कर्मधारयसमासः अस्ति. विशेषणपूर्वपदकर्मधारयसमासः अस्ति उन्नतवृक्षः इत्यस्मिन् पदे. तत्र समानाधिकरणमस्ति इति वदामः. समानम् अधिकरणमस्ति इत्युक्ते अधिकरणं समानम्. आधारः तदर्थमपि एकं सूत्रमस्ति, आधारोऽधिकरणम्. आधारः एव अधिकरणम्. यदा वयं सप्तमीविभक्तेः प्रसङ्गे पठामः तदा एकं सूत्रमायाति, आधारोऽधिकरणम्. आधारः एव अधिकरणम्. समानाधिकरणम् इत्युक्ते सब्स्ट्राटम् इस् द सेम्. उन्नतवृक्षः इत्यत्र समानाधिकरणमस्ति इति कथं वक्तुं शक्यते इत्युक्ते वृक्षे एव वृक्षत्वमस्ति, उन्नतत्वमपि अस्ति. उन्नतवृक्षः इत्यस्मिन् पदे समानाधिकरणम् अस्ति इत्युक्ते अधिकरणं समानं. वृक्षः एव अधिकरणमस्ति. तत्र आधारः अस्ति, वृक्षे एव उन्नतत्वम् अस्ति, वृक्षत्वमपि अस्ति. तादृशी स्थितिः अस्ति चेत् तदा वयं तत्र अधिकरणं समानमस्ति.
भगिनि, तदेव उन्नतः तदेव वृक्षः इति कथितुं शक्यते वा? सः एव उन्नतः, सः एव वृक्षः.
वृक्षे एव वृक्षत्वमपि अस्ति, उन्नतत्वमपि अस्ति. तत्र आधारः समानः अथवा अधिकरणं समानम्. आधारोऽधिकरणम् इति संज्ञासूत्रेण आधारः एव अधिकरणम्. स्थाल्यां पचति इति वाक्यम् अस्ति चेत् स्थाली इति आधारः अस्ति, अधिकरणमस्ति. कारकप्रसङ्गे इदं सूत्रम् आयाति, आधारोऽधिकरणम् अपि च सप्तम्यधिकरणे च इति सूत्रमपि सप्तमी विभक्तेः प्रसङ्गे यदा कारकचिन्तनं कुर्मः तत् सूत्रम् आयाति. कर्मधारयसमासस्य प्रसङ्गे समानाधिकरणं वर्तते, इत्युक्ते कर्मधारे समासस्य प्रसङ्गे एतत् सर्वम् आयाति. किन्तु अत्र अस्माकं विषयः कः इत्युक्ते तिङ्प्रत्ययस्य समानाधिकरणं युष्मत् उपपदेन यत्र उच्यते तत्र मध्यमपुरुषवाचिनः प्रत्ययाः आयान्ति. युष्मत् इति उपपदं नास्ति चेदपि तत्र मध्यमपुरुषवाचिनः प्रत्ययाः आयान्ति. अग्रिमं सूत्रमस्ति अस्मद्युत्तमः. नरसिंह हेग्डे महोदय भवान् एव वदतु.
अस्मद्युत्तमः एतदपि एतद् युष्मदुपपदे इति सूत्रस्य समानमेव अस्ति, परन्तु उत्तमपुरुषकृते अस्ति. यस्य सम्पूर्णरूपं भवति अस्मद्युपपदे समानाधिकरणे स्थानिन्यपि उत्तमः इति. अत्र यथा अस्मद् उपपदस्य समानाधिकरणं तिङ् प्रत्ययेन भवति तत्र उत्तमपुरुषे ये प्रत्ययाः सन्ति तस्य उपयोगं करणीयः. तत्रापि यदा उक्तं वा न उक्तं, यदि पठामि इति कोऽपि वदति चेत् तत्र अहम् एव आयाति तत्र विश्व अस्मद् उपपदं. तत्र पठावः इति वदामः चेत् तत्र आवाम् आयाति. तत्रापि यथा भवती उक्तं तत् उदाहरणरूपं पठामि अहं पठामि इत्यत्र कर्तृ उक्तमस्ति, परन्तु किमर्थं पठामि यदि कोऽपि वदति चेत् तत्र तस्य अर्थं भवति अहं किमपि अहं किं किमर्थं पठामि इति एव भवति इति. तदेव समान युष्मदुपदे तस्य समानमेव अस्ति अस्मदुपदे अस्मदुत्तमः, परन्तु उत्तमपुरुषकृते अस्ति एतत्.
साधु महोदय, अस्मद्युत्तमः इत्यत्र पदविच्छेदं कुर्मः चेत् अस्मदि उत्तमः इति पदद्वयम् अस्ति. अस्मदि इति सप्तम्यन्तं रूपम् अस्ति. अस्मद् शब्दस्य सप्तमीविभक्ति एकवचनरूपम् अस्मदि उत्तमः प्रथमा एकवचनमस्ति. यद्यपि अस्मिन् सूत्रे पदद्वयमेव अस्ति तथापि पूर्वसूत्रात् बहूनि पदानि अस्मिन् सूत्रे अनुवृत्तानि भवन्ति. अस्मदि उपपदेन सह समानाधिकरणे स्थानिनि अपि उत्तमः इति वक्तव्यमस्ति तत्र. अस्मदी उपपदेन सह समानाधिकरणे स्थानिनि अपि उत्तमः इत्युक्ते अस्मद् उपपदेन तिङ्प्रत्ययस्य समानाधिकरणं यत्र उच्यते तत्र अस्मत् इति उपपदं नास्ति चेदपि उत्तमपुरुषप्रत्ययाः आयान्ति. यदा महोदयेन एकम् उदाहरणम् उक्तमस्ति, अहम् अन्यत् उदाहरणं वदामि. अहं गच्छामि इत्यत्र कर्ता अहं कर्ता निर्दिष्टः. तत्र अहं गच्छामि इत्यस्मिन् वाक्ये अहं शब्देन कर्तुः निर्देशः कृतः. किमर्थं गच्छामि इत्यत्र कर्तुः निर्देशः नास्ति, कर्तृपदं नास्ति, अस्मत् उपपदं नास्ति, कर्तुः निर्देशः नास्ति चेदपि गच्छामि इति पदस्य दर्शनेन वयम् अवगन्तुं शक्नुमः यत् उत्तमपुरुषवाचि प्रत्ययस्य प्रयोगः कृतः इति अवगन्तुं शक्नुमः. अस्मत् उपपदेन उत्तमपुरुषप्रत्ययाः आयान्ति. इमानि सर्वाणि सूत्राणि आकडारादेकासंज्ञा इति सूत्रस्य अधिकारे सन्ति. आकडारादेकासंज्ञा इति सूत्रस्य कार्यक्षेत्रे इमानि सूत्राणि सन्ति. आकडारादेकासंज्ञा इति सूत्रं कीदृशम्? एकसंज्ञाधिकारसूत्रं. तेन सूत्रेण एकस्मिन् समये एकस्य शब्दस्य एका एव संज्ञा स्यात्, अपि च परसूत्रेण उक्ता संज्ञा एव तत्र तिष्ठतु इति आकडारादेकासंज्ञासूत्रेण उच्यते. इमानि सूत्राणि एकसंज्ञाधिकारे सन्ति. तस्य सूत्रस्य कार्यक्षेत्रे इमानि पञ्चसूत्राणि सन्ति. अन्तिमं सूत्रमस्ति शेषे प्रथमः. अस्मिन् प्रसङ्गे सुन्दर महोदय भवान् वदतु.
एतत् सर्वं अवशिष्ट सर्वमपि प्रथमपुरुषे भवति इति तस्य अर्थः भवति. शेषे प्रथमः इत्युक्ते अवशिष्टे सर्वे अपि प्रथमपुरुषः भवति इति अस्य आशयः, अस्य सूत्रस्य आशयः.
उत्तमं. युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमाः इति सूत्रेण मध्यमपुरुषप्रत्ययाः उच्यन्ते. अस्मद्युत्तमः इति सूत्रेण उत्तमपुरुषप्रत्ययाः उच्यन्ते. एतान् सर्वान् त्यक्त्वा, एतान् सर्वान् विहाय, युष्मत्शब्दं विहाय, अस्मत् शब्दं विहाय अन्यशब्देन उक्ताः प्रत्ययाः प्रथमपुरुषप्रत्ययाः भवन्ति. शैली कीदृशी अस्ति वदतु.
शेषे प्रथमः इति सूत्रं शैली एतत् शेष अवशिष्ट सर्वे आर्धधातुकं शेषः इति तादृशशैली अत्र अत्र अपि उपयुक्तः उपयुक्ता इति मन्ये. आर्धधातुकं शेषः तिंशित् सार्वधातुकम् इति प्रथमं उक्त्वा तदनन्तरं शेष आर्धधातुकं शेषः इति वयं वदामि चेत् तादृशी शैली अत्रापि प्रयुक्ता इति मम चिन्तनम्.
अस्मिन् करपत्रे अत्र पञ्चसूत्राणि सन्ति. त्रीणि त्रीणि तानि एकवचन. एते द्वौ सूत्रौ ते संज्ञासूत्राणि. किमर्थम् अत्र तिङ् समूहस्य प्रथमपुरुष संज्ञा केषां प्रत्ययानां प्रथमपुरुषसंज्ञा भवति, केषां प्रत्ययानां मध्यमपुरुषसंज्ञा भवति, एण्ड् अनन्तरं केषां तिङ् समूहे उत्तम पुरुषस्य संज्ञा भवति. अनन्तरं ये अन्ते ये त्रीणि सूत्राणि सन्ति अस्मद्युत्तमम् अपि च शेषे प्रथमः. एते त्रीणि सूत्राणि विधिसूत्राणि इत्युक्ते मध्यमपुरुषप्रत्ययानां विधानं कुत्र भवति. सो मध्यमपुरुषप्रत्ययानां विधानं केवलं युष्मद् पदे एव तेषां विधानं भवति. तथैव उत्तमपुरुषप्रत्ययानां विधानम् अस्मद् शब्दे एव भवति. अनन्तरं ये सर्वे युष्मद्विहाय अस्मद्विहाय ये सर्वे अन्य तत्र शब्दः सन्ति, यथा नामशब्दः अथवा कोऽपि सर्वनाम शब्दः, तेषां विधानं प्रथमपुरुष प्रत्यये तत्र तेषां विधानं भवति. इत्युक्ते तत्र यद्यपि तत्र सः त्वम् अथवा अहं विहाय अन्य सर्वे शब्दः यः यत् ये सर्वे शब्दाः सन्ति तत्र प्रथमपुरुषसंज्ञक तिङ् प्रत्ययानां विधानम् एव तत्र शेषे प्रथमा इति सूत्रेण भवति इति अहं चिन्तयामि.
उत्तमं भगिनी, तदेव प्रथमसूत्रेण प्रथमपुरुषप्रत्ययाः, मध्यमपुरुषप्रत्ययाः, उत्तमपुरुषप्रत्ययाः इति विभागः कृतः. तान्येकवचनद्विवचन बहुवचनान्येकशः सूत्रेण वचननिर्णयः भवति. वचनसंज्ञा दीयते, एकवचनं द्विवचनं बहुवचनं प्रत्ययाः उच्यन्ते. युष्मद्युपपदे समानाधिकरणे स्थानन्यपि मध्यमः, अस्मद्युत्तमः, शेषे प्रथमः इत्यनेन कार्यं भवति इति भगिन्या उक्तमस्ति. शेषे प्रथमः इत्यत्र शेषे इति सप्तमी अन्तं पदमस्ति, प्रथमः इति प्रथम एकवचनरूपम् अस्ति. इत्युक्ते युष्मत् शब्दं विहाय, अस्मत् शब्दं विहाय अन्यशब्देन उक्ताः प्रत्ययाः प्रथमपुरुषप्रत्ययाः भवन्ति. पूर्वसूत्रद्वयेन यत् न उक्तमस्ति तदेव अत्र स्वीकर्तव्यं. शेषे इति कथनेन पूर्वसूत्रद्वयेन यद् न उक्तमस्ति ते एव अत्र स्वीकर्तव्याः. सः गच्छति इत्यत्र सः इति प्रयोगः कृतः. सः गच्छति इत्यत्र सः इति कर्तृपदमस्ति. तस्मिन् वाक्ये कर्ता उक्तः. किमर्थं गच्छति, कुत्र गच्छति इति वाक्यं वदामश्चेत् किमर्थं गच्छति अथवा कुत्र गच्छति इत्यत्र कर्ता न उक्तः. तथापि अस्मत् शब्दः युष्मत् शब्दः द्वयोः उपपदयोः प्रयोगः न कृतः, अतः अत्र शेषे प्रथमः इति सूत्रेण प्रथमपुरुषप्रत्ययः आगतः इति अवगन्तुं शक्नुमः. किमर्थं गच्छति इत्यत्र सः इति पदम् अथवा सा इति पदं नास्ति चेदपि तत्र अस्मत् युष्मद् भिन्नशब्दस्य विवक्षा अस्ति इति कारणतः शेषे प्रथमः सूत्रेण अत्र प्रथमपुरुषप्रत्ययाः आयान्ति इति अवगन्तुं शक्नुमः. अग्रे एकः परिच्छेदः अस्ति, तं पठित्वा समापयामः. सुजाता भगिनी भवती पठतु.
यदा यदि वक्तुम् इच्छा अस्ति.
अत्र वक्तुम् इच्छा अस्ति वा वक्तुः इच्छा?
वक्तुः वक्तुः.
भेदः कः वदतु? वक्तुम् इच्छा वक्तुः इच्छा.
वक्तुः इच्छा यः वक्तुम् इच्छा वक्ता इच्छा अस्ति तत् वक्तुः अस्ति. वक्तुम् इच्छा यो इच्छा वक्तुम् इच्छा चाहति तत् वक्तुं यत् वक्तुं चाहति तत् वक्तुम् वक्तुः प्रथमाविभक्ति अस्ति.
षष्ठी एकवचनं
षष्ठी एकवचनं
शब्दः वक्तृ वक्ता वक्तारौ वक्तारः इति ऋकारान्तशब्दः.
क्षम्यतां भगिनि.
हा चिन्ता मास्तु. वक्तुम् इच्छा इति कथनेन तुमन्नन्तं पदमस्ति. वक्तुम् इच्छा वक्तुमिच्छा विवक्षा अनयोः पदयोः स्थाने यदि विवक्षा अस्ति इति लेखितुम् इच्छामश्चेत् साधु. वक्तुमिच्छा विवक्षा सन्नन्तपदमस्ति. किन्तु अत्र वक्तुः इच्छा इति लिखितमस्ति. वक्ता इति ऋकारान्तपदमस्ति. प्रातिपदिकमस्ति वक्तृ ऋकारान्तप्रातिपदिकं. तृच् प्रत्ययान्तपदमस्ति. वच् धातुतः वक्ता इति तृजन्तरूपम्. तस्य षष्टिविभक्ति एकवचनरूपं वक्तुः. वक्तुः इच्छा अस्ति विवक्षा अस्ति वदतु इदानीं.
वक्तुः इच्छा अस्ति वक्तुः इच्छा अस्ति. भूधातुः प्रथमपुरुषस्य एकवचने तर्हि तिप् प्रत्ययः विहितः. भूयोगः तिप्. यदि वक्तुः इच्छा अस्ति वृत् आत्मनेपदे धातुः वर्तते लटि रूपं भवति. उत्तमपुरुषस्य द्विवचने तर्हि वहि प्रत्ययः विहितः. वृत् योगः वहि. यः कोऽपि लकारः भवतु नाम प्रत्ययाः एते एव अष्टादश. अतः यद्यपि वक्तु इच्छाम् अनुसृत्य दशानां लकाराणां भेदाः सन्ति एव. आरम्भे लट् लोट् लङ् इत्यादिकं परन्तु इदानीम् अभेदः एव दृश्यते. यदा भूधातुः अस्ति भूधातु लकारस्य स्थाने तिप् प्रत्ययः आयाति. लस्य स्थाने तिप् प्रत्ययः आयाति. यदि वक्तु इच्छा अस्ति आत्मनेपदी धातु वा वर्तते भवति. आत्मनेपदी भवति चेत् वक्तुमिच्छा भवति चेत् आत्मनेपदे वर्तते भवति लटि लट् लकारे. उत्तमपुरुषस्य द्विवचने तर्हि वहि प्रत्ययः विहितः. वृत् योगः वहि. यः कोऽपि लकारः भवतु नाम प्रत्ययाः एते एव. कोऽपि लकारः भवतु प्रत्ययः तिङ् प्रत्ययाः एव भवति. अष्टादश तिङ् प्रत्ययाः एव विहितः भवति प्रथमम्. अतः यद्यपि वक्तु इच्छायाम् अनुसृत्य दशानां लकाराणां भेदाः सन्ति एव. लट् लोट् लङ् इत्यादिकं परन्तु इदानीम् अभेदः एव दृश्यते. लकाराणाम् अनुसृत्य प्रत्ययस्य भेदः भवति. इदानीम् अभेदः भवति. तिङ् प्रत्यय तिङ् प्रत्ययः कृते प्रथमम् अभेदः भवति. वक्तुम् इच्छानुसारम् आत्मनेपदि वा लट् लकार लोट् लकार वा तत् प्रत्ययः भेदः भवति.
भूधातुः कीदृशधातुः वदतु.
भूधातुः प्रथमगणे अस्ति. भोगादिगणे धातुः अस्ति प्रथमगणे, गणम् अनुसृत्य शप् प्रत्ययः आयाति. भोगादिगणे शप् कर्तरी शप् विहितः.
तं भागं त्यजतु. भूधातोः वर्णनं करोतु इति प्रश्ने सति भूधातौ अनुबन्धवर्णाः न सन्ति, इति संज्ञकवर्णाः न सन्ति. तदर्थमेव भूधातुः शेषात् कर्तरि परस्मैपदम् इति सूत्रेण परस्मैपदी धातुः भवति. अतः एव तस्य रूपाणि भवति, भवतु, अभवत् एवं रूपाणि परस्मैपदरूपाणि भवन्ति. इत्युक्ते एतादृशधातोः परं परस्मैपदसंज्ञकप्रत्ययाः आयान्ति. अस्माकं विवक्षा लट् लकारविवक्षा अस्ति इति चिन्तयतु. भूधातुतः लट् लकारविवक्षा अस्ति चेत् वर्तमाने लट् इति सूत्रेण लट् इति प्रत्ययः विहितः भवति. लट् इत्यत्र अनुबन्धवर्णानां लोपकार्य अनन्तरं ला एव अवशिष्यते. भूयोगः ला इति स्थितिः अस्ति. अस्माकं विवक्षा प्रथमपुरुष एकवचनरूपसिद्धिः एव अस्माकं विवक्षा अस्ति इति कारणतः प्रथमपुरुष एकवचनप्रत्ययं लकारस्य स्थाने आयाति, तिप् आयाति. सर्वेषु लकारेषु एतादृशं कार्यमेव, इत्युक्ते प्रथमतया लकारस्य स्थाने मूलप्रत्ययाः एव आयान्ति. तदनन्तरं विशिष्टसूत्रैः मूलप्रत्ययस्य स्थाने भिन्न आदेशाः भूत्वा सिद्धतिङ् प्रत्ययानां निर्माणं भवति इति कारणतः दशलकारेषु रूपाणि भिद्यन्ते. भूधातोः उदाहरणं स्वीकृत्य लिखितमस्ति. भूधातुतः लट् योजनेन लट् इत्यत्र अनुबन्धवर्णानां लोपकार्य अनन्तरं ला एव अवशिष्यते. तत्र लकारस्य स्थाने लस्य इति सूत्रेण तिप् इति प्रथमपुरुष एकवचनप्रत्ययः आयाति. लङ् लकारे अपि एवमेव भवति. अन्ततो गत्वा रूपभेदः किमर्थं जायते? भू इत्यस्य लटी रूपं भवति किन्तु भू इत्यस्य लङ् रूपम् अभवत्. किमर्थं तावान् भेदः?
प्रत्ययस्य विवक्षानुसारं लोट् लकारः अस्ति चेत् प्रत्यय आदेशः भिन्नः भवति इत्यनेन भिन्न.
नीलं भगिनि कृपया वदतु, विषयः कः?
अत्र विषयः अस्ति लकारः कीदृशी लकारः, सार्वधातुक लकारः अथवा अर्धधातुक लकारः. सो सार्वधातुक लकारः अस्ति चेत् तत्र एकरीत्या तत्र कार्यं भवति, तत्र घनप्रत्ययस्य चिन्तनम्. अर्धधातुक लकारः अस्ति चेत् तत्र सूत्र आधारेण तत्र रूपाणि सिद्ध्यन्ते, परन्तु ते भिन्नाः. तत्र मध्ये भिन्नभिन्नविकरणप्रत्ययः आयाति, सूत्राधारेण एव ते विद्यन्ते.
लट् लकारः सार्वधातुकः, लङ् लकारः सार्वधातुकः. इत्युक्ते सार्वधातुकलकारेषु किं भवति? तिङ् प्रत्ययः आदौ आयाति, इत्युक्ते तिप् प्रत्ययः प्रथमतया आयाति. किन्तु लिट् लकारः अस्ति, लिट् लकारः आर्धधातुकलकारः. लिट्च इति सूत्रेण लिट् लकारे तिङ् प्रत्ययाः साक्षात् आर्धधातुकाः भवन्ति इति पाणिनिना उक्तमस्ति. लिट् लकारे द्वित्वमपि भवति. भूधातोः लिट् लकाररूपमस्ति बभूव, तत्र द्वित्वकार्यं भवति. लिट् लकारः आर्धधातुकलकारः. अत्र मुख्यविषयः कः इत्युक्ते अस्माकं विवक्षानुगुणं लकारस्य अर्धम् आश्रित्य प्रथमतया लकारं योजयामः. इत्युक्ते वर्तमानकालार्थे लट् प्रत्ययः विहितः भवति, अनद्यतने लङ् इति सूत्रेण लङ् प्रत्ययः विहितः भवति. अनुबन्धवर्णानां लोपकार्य अनन्तरं लकारप्रत्ययेषु ला एव अवशिष्यते. ला इत्यस्य स्थाने तिबादयः मूलप्रत्ययाः आयान्ति. सर्वत्र एतादृशं कार्यमेव भवति. तावत्पर्यन्तं भेदः नास्ति. तस्य अनन्तरमेव, इत्युक्ते तिप्रत्ययस्य आगमनात् परमेव, विशिष्टसूत्रैः विशिष्टानि कार्याणि भूत्वा विशिष्ट आदेशाः भवन्ति इति कारणतः भिन्नलकारेषु रूपाणि भिद्यन्ते. तिङ्गन्तरूपेषु किमर्थं भेदः दृश्यते इत्युक्ते सिद्धतिङ् प्रत्ययस्य आगमनात् परमेव तिङ्गन्तरूपेषु भेदः जायते. वृत्तधातोः उदाहरणं दत्तमस्ति. वृत्तधातोः लटीरूपाणि वर्तते, वर्तेते, वर्तन्ते, वर्तसे, वर्तेथे, वर्तध्वे, वर्ते, वर्तावहे, वर्तामहे एवं रूपाणि भवन्ति खलु. धातुः कीदृशः इति प्रश्ने सति अत्र धातुः आत्मनेपदी धातुः, अतः तस्मात् परम् आत्मनेपदसंज्ञकप्रत्ययाः आयान्ति. लटि प्रथमपुरुष एकवचनरूपं वर्तते, किन्तु उत्तमपुरुषस्य द्विवचनरूपमस्ति वर्ते वर्तावहे वर्तामहे एवं रूपाणि भवन्ति. उत्तमपुरुष द्विवचनरूपम् अस्ति वर्तावहे. आत्मनेपदसंज्ञकप्रत्ययः उत्तमपुरुष द्विवचनप्रत्ययः वहि प्रत्ययः अस्ति. इड् वहि महिम् इति वदामः. इट् इति उत्तमपुरुष एकवचनप्रत्ययः. वहि इति उत्तमपुरुष द्विवचनप्रत्ययः. महिम् इति उत्तमपुरुष बहुवचनप्रत्ययः. किन्तु रूपं वर्तावहे किमर्थं भवति इति अन्या वार्ता. तत्र एकम् अन्यत् सूत्रमपि कार्यं करोति इति कृत्वा अन्ततो गत्वा रूपं वर्तावहे इति भवति. मूलप्रत्ययः तु वहि इति अस्ति. लट्लकारे लङ्लकारे लोट्लकारे विधिलिङ्लकारे इत्युक्ते एतेषु चतुर्षु सार्वधातुकलकारेषु प्रथमतया मूलप्रत्ययः एव आयाति. तस्मात् परं भिन्न आदेशाः भूत्वा भिन्नसिद्धप्रत्ययाः आयान्ति इति कारणतः रूपाणि भिद्यन्ते. तदर्थमेव लटीरूपं भवति, लोट् रूपं भवतु, लङ् रूपम् अभवत्, विधिलिङ् रूपं भवेत् एवं रूपाणि भवन्ति. मूलप्रत्ययाः यदा आयन्ति तावत्पर्यन्तं भेदः नास्ति. मूलप्रत्ययेभ्यः यदा सिद्धतिङ् प्रत्ययानां निर्माणं भवति, मूलतिङ् प्रत्ययेभ्यः यदा आदेशाः भवन्ति भिन्नसूत्रैः, तस्यां दशायाम् एव तत्र भेदः जायते. नीलं भगिनी भवती पठतु. तिङ् प्रत्ययानां सिद्धिः.
तिङ् प्रत्ययानां सिद्धिः लादिकारे तृतीय अध्याये चतुर्थपादे अष्टसप्ततितम सूत्रम् आरभ्य तृतीय अध्याये चतुर्थपादे द्वादश अधिक एकशततम सूत्रम् अपि च प्रत्यादेशे सप्तम अध्याये प्रथमपादे सूत्र आरभ्य सप्त अध्याये प्रथमपादे नव चत्वारिंशतम सूत्रम् तिङ् प्रत्ययाः सिद्धाः भवन्ति. एपि सूत्रैः मूलाः तिङ् प्रत्ययाः ये दशानां लकाराणां कृते समानाः. विभिन्नानि रूपाणि स्वीकृत्य लट् लोट् लङ् इत्यादीनां लकाराणां सिद्धाः तिङ् प्रत्ययाः भवन्ति. यथा तिप् लटिति लोटितु अथवा तात् लङ्गित इत्यादिकं भवति. अतः अत्र पुनः भेद आयाति. तत्र लाधिकारे वयं जानीमः तत्र लस्य इति सूत्रस्य अधिकारः अस्ति. तृतीय अध्याये अष्टसप्ततिसूत्र आरभ्य द्वादश अधिक एकशततसूत्रपर्यन्तं लाधिकारः इत्युक्ते लस्य अधिकारः तत्र वर्तते. अपि च प्रत्यादेशे सप्तम अध्याये प्रथमपादे प्रथमसूत्र आरभ्य तस्मिन् एव पादे नवचत्वारिंशतं सूत्र सूत्रात् तत्र सूत्रपर्यन्तं तिङ् प्रत्ययाः सिद्धाः भवन्ति. तत्र तिङ् ये समूहः अस्ति तेषां सिद्धप्रत्ययाः कथं भवन्ति तेषां कृते तत्र सूत्राणि सन्ति सप्ताध्याये प्रथमपादे. एभिः सूत्रैः मूलाः तिङ् प्रत्ययाः ये दशानां लकाराणां कृते समानाः. सो वयं जानीमः तत्र तिङ् प्रत्ययाः तत्र ये अष्टादश तिङ् प्रत्ययाः सन्ति आदौ तु दशानां लकाराणां कृते ते समानाः एव दृश्यन्ते. इत्युक्ते दशसु लकारेषु सिप्तजि सिप्तस्थ एते सर्वे प्रथमे प्रथमसोपाने ते एव आयान्ति समानः दृश्यन्ति. विभिन्नानि रूपाणि स्वीकृत्य लट् लोट् लङ् इत्यादीनि लकाराणां सिद्धाः तिङ् प्रत्ययाः भवन्ति. सो सूत्रेभिः किं भवति सूत्र आधारेण तत्र सिद्धतिङ् प्रत्ययानां विधानं दश तत्र सिद्धतिङ्गप्रत्ययानां सूत्राणि सन्ति तेषां विधानमपि भवन्ति. यथा तिप् तिप् लटि ति भवति तत्र लट् लकारे तत्र तिप् प्रत्ययः ति भवन्ति वयं जानीमः. लोट् लकारे तु भवति अथवा तात् भवति एकवचने प्रथमपुरुष एकवचने. तथैव लङ् लकारे केवलं त इति तकारः एव अवशिष्यते लङ्लकारे. सो इत्यादिकं भवति. अत्र पुनः भेदः आयाति. सो प्रथमे तु तत्र अभेदः अस्ति तिप् टिप् टिप् सर्वत्र आयाति, परन्तु तत्र लकार लकारविशिष्ट लकारनिमित्तिकं तत्र विशिष्टसूत्राणि सन्ति, तेभिः किं भवति तत्र रूपाणि भिद्यन्ते, कुत्रचित् ति एव अवशिष्य कुत्रचित् तु भवति, कुत्रचित् तकारः एव अवशिष्यति, तत्र पुनः किं भवति अभेदः आयाति. सो अत्र प्रथमे तत्र अभेदः लकार मूलतिङ् प्रत्ययः अभेदः तत्र दृश्यते, परन्तु अनन्तरं तत्र अन्ततो गत्वा ते तेषां रूपाणि सूत्राधारेण विधीयन्ते. सो ते तत्र भेदः जायते.
उत्तमं, साधु भगिनी. भवन्तः इच्छन्ति चेत् मातृभिः लिखितं पुस्तकं पश्यन्तु. मातृभिः लिखितं पुस्तकं पश्यामश्चेत् एकसप्ततितमे पृष्ठे पेज् 71 मध्ये लाधिकारः इति लिखितमस्ति. तत्र प्रथमं सूत्रमस्ति लस्य. लाधिकारे बहूनि सूत्राणि सन्ति. अष्टसप्ततितमं सूत्रात् आरभ्य तृतीयाध्यायस्य चतुर्थपादस्य 12-100 सूत्रपर्यन्तं सूत्राणि सन्ति. तत्र लाधिकारः अस्ति. प्रथमं सूत्रं लस्य. लस्य सूत्रात् आरभ्य द्वेषश्च इति एकं सूत्रम् अस्ति. अग्रिमे पुटे द्वेषश्च इति 112 सूत्रं, तत्सूत्रपर्यन्तं लाधिकारः अस्ति. कानिचन सूत्राणि मम कृते परिचितानि सूत्राणि सन्ति. टित आत्मनेपदानां तेरे इति एकं सूत्रम् अस्ति. तस्मिन् पुटे पेज् 71 मध्ये टित आत्मनेपदानां तेरे इति सूत्रेण एव वृत्तधातोः रूपं वर्तते भवति. तत्र प्रत्ययः कः? त. वृत्तधातुतः त इति प्रत्ययं योजयामः खलु, किन्तु तत्र रूपं किं सिद्ध्यति? वर्तते. तत्र टित आत्मनेपदानां तेरे इति सूत्रं कार्यं करोति. था सहसे इति अन्यत् सूत्रमस्ति. वर्तसे इति मध्यमपुरुष एकवचनरूपमस्ति खलु, वर्तसे तद्रूपं कथं सिद्ध्यति इत्युक्ते था सहसे इति सूत्रेण सिद्ध्यतिङ् प्रत्ययस्य निर्माणं भवति. था सहस्थाने से आदेशः भवति. थास् प्रत्ययः मध्यमपुरुष एकवचनप्रत्ययः. ता आतां झ था साथां ध्वम् इड्वहि महिं एवं वदामः खलु, तत्र मध्यमपुरुष एकवचनप्रत्ययः आत्मनेपदीनां कृते थास् अस्ति. थास् स्थाने से आदेशः भवति. लोटो लङ्वत् इति सूत्रम्. येरुः मेर्णिः आमेतः सवाभ्यां वामौ आडुत्तमस्य पिच्च. आडुत्तमस्य पिच्च इति सूत्रं लोट्लकार कार्यं करोति. एवं लाधिकारे कानिचन सूत्राणि सन्ति. तैः सूत्रैः सिद्धप्रत्ययानां निर्माणं भवति. एतत् कार्यं तृतीयाध्याये चतुर्थपादे अस्ति. अन्यत्रापि कानिचन सूत्राणि सन्ति. तेषां सूत्राणां द्वारा प्रत्ययादेशाः भवन्ति. भवन्तः द्रष्टुमिच्छन्ति चेत् मातृभिः लिखितं पुस्तकम् अष्टाध्यायीसूत्रपाठः पुस्तकं पश्यामश्चेत् पेज् 119 मध्ये कानिचन इतोपि सूत्राणि सन्ति. झोन्तः, अदभ्यस्तात्, आत्मनेपदेषु अनतः, तुह्योस्तातङ्गाशीषन्यतरस्याम् ईदृशानि कानिचन सूत्राणि सन्ति. कुत्र? सप्तमाध्याये. सप्तमाध्याये कानिचन सूत्राणि सन्ति. तृतीयाध्याये कानिचन सूत्राणि सन्ति. एतेषां सूत्राणां द्वारा भिन्न आदेशाः भवन्ति इति कृत्वा भिन्नरूपाणि सिद्ध्यन्ति. वस्तुतः आदौ सर्वेषु लकारेषु लकारस्य स्थाने मूलप्रत्ययाः एव आयान्ति. पश्चादेव भिन्नसूत्रैः सिद्धप्रत्ययानां निर्माणं भूत्वा भिन्नरूपाणि सिद्ध्यन्ति. तदर्थमेव खाद् धातोः रूपं खादति लटि, लोट् खादतु, लङ् अखादत् एवं रूपाणि भवन्ति. मूलप्रत्ययानां स्थाने भिन्न आदेशाः भूत्वा सिद्धप्रत्ययानां निर्माणं भवति भिन्नलकारेषु भिन्नसूत्रैः. इति कारणतः एव तिङ्गन्तरूपेषु अन्ततो गत्वा रूपभेदः जायते. स एव मुख्यविषयः. सिद्धप्रत्ययानां निर्माणं कथं भवति इति अग्रे पठिष्यामः. किन्तु अत्र इतोपि एकः विषयः अस्ति. सः विषयः परिचितः एव, सार्वधातुकप्रत्ययाः, आर्धधातुकप्रत्ययाः च. तस्मिन् प्रसङ्गे आगामिनि सप्ताहे चिन्तनं करिष्यामः. जीबिन्दुतः आगामिनि सप्ताहे चिन्तनं भविष्यति. इदानीम् अत्र स्थगयाम. सर्वेषां धन्यवादाः.
धन्यवादः महोदय. धन्यवादः.